každá prostě vy, nikdo. Každá sahaj je kaha.
Nisrg kavi, nisrg kavi, prakruti je aradhaka. Asya kavitayam, adhika alankaradhikam bhavati, parantu tatha pathak rupena alankarova kashchana पृथग्रूपेण सन्निवेशतः अभिप्रायो वा भावो वा अस्तीति न वयम् अनुभवामः सहजतया वर्णयति इव तादृश कवितां सहजरूपां सः करोति विशिष्य नाटकेषु अत्यन्तसहजरूपेण एषः नाटकानां चित्रणं करोति कदाचित् काव्येषु कदा कदाचित् वर्णनेषु यद्यपि उत्प्रेक्षाप्रागल्भ्यम् भाव प्रागल्भ्यम अलंकार प्रागल्भ्यम प्रदर्शयति नाटकेषु अत्यंत चतुरो भवति अत्यंत दत्तचित्तो भवति यथा सहजतया सर्वं चित्रयति शाकुंतलस्य कथा महाभारतात् स्वीकृता महाभारते या शकुंतला महाभारते यः दुष्यन्तः सौ द्वावपि अत्र अमरौ जातु इत्युक्ते महाभारते शकुन्तला तथा रमणीयापि न दृश्यते नानुभूयते तथा महाभारते दुष्यन्तस्तु अतीव सामान्यः कश्चित् जनः इव अनुभूयते यतः पुराणानां तात्पर्यं प्राधान्यं तत्तत् इतिहासादीनां उल्लेखन मात्रं तात्पर्यमस्ति पुराणेषु काव्येषु तु नायकः उदात्तो भवेत् अतः दुष्यन्त विशिष्य दुष्यन्त चारित्र्यं यत् महाभारते कीर्तितं तद्विपरीततया कालिदासेन तस्य उदात्तता अतीव सम्बद्धिता एतदर्थं कालिदासेन बहु तत्र तत्र विपरिणामाः कथायामपि कृताः महाभारते कथा पृथग्रूपा वर्तते कालिदासेन कृता कथापि पृथग्रूपेण वर्तते एवञ्च स्थूलतः कथा महाभारततः स्वीकृता परन्तु प्रायः वर्धिता कथा एषा केवलं कालिदासस्य स्वकीयपद्धत्या एतादृशस्वातन्त्र्यम् अस्माकं कवयः स्वीकुर्वन्ति यथा प्रधानतया शापवृत्तान्तः महाभारते नास्ति शापवृत्तान्तः कालिदासेन ग्रथितः तत् शापवृत्तान्तस्य प्रसङ्गवशात् अनेके वृत्तान्ताः कल्पनीयाः आसन् यदा शापः इति वृत्तान्तः आगच्छति शापस्य परिहारोऽपि प्रदर्शनीयो भवति तदर्थं यत्किञ्चिदपि अभिज्ञानं शापस्य अवसानं भवति इति तद् अभिज्ञानशाकुन्तलम् इति नाम एव ततः आगच्छति तदनन्तरं पुनः अङ्गुलीयकवृत्तान्तः सर्वमेतत् कविना कल्पितं वर्तते अनया कल्पनया दुष्यन्तस्य चारित्र्यम् अतीव प्रवृद्धम् अतीव उदात्तः कश्चन महान् नायकः इव दृश्यते महाभारते तु अतीवसामान्यः कश्चित् क्षत्रियः अतीवसामान्यः कश्चन राजा इव दुष्यन्तः अभिवर्णितः आसीत् यद्यपि चक्रवर्ती तु आसीत् तथापि गुणानां वर्णनविषये कालिदासेन बहु परिष्कारः कृतः मन्ये प्रथमाङ्कस्य तथा तु एतावन्मात्रं भवति यत्र एकस्मिन् समये राजा मृगयार्थम् अरण्यं गच्छति तत्र बहुविधमृगान् मारयन् अथवा अनुसरन् अनुसरन् कण्वस्य आश्रमपदे प्रविशति यदा कण्वमहर्षेः आश्रमपदे प्रविशति तदानीं तत्रत्यैः आश्रमबालकैः राजा प्रतिबोधितः आसीत् यत् एकं मृगं हन्तुं प्रवर्तते दुष्यन्तः तदानीम् आश्रमवासिनः कथयन्ति एषः आश्रममृगः वर्तते, अतः एषः नहन्तव्यः इति कथयन्ति. तेन अयम् आश्रमस्य परिसरः इति झटिति राजा जानाति. राजा एतादृशविनीतः वर्तते यत् प्रायः क्षत्रियाः आधिज्यं धनुः न अवरोपयन्ति, तथापि ऋषिबालकानां वचनं श्रुत्वा सः झटित्येव अस्त्रम् उपसंहरति. अपि च मृगया अत्र समाप्ता इत्यपि घोषणां करोति. अनन्तरं सः इच्छति कण्वाश्रमे गत्वा कण्वस्य महर्षेः दर्शनं कृत्वा तस्य योगक्षेमादिकं पृष्ट्वैव गच्छामि इति. तथा ऋषिबालकाः कथयन्ति यत् कण्वमहर्षिः इदमिदानीम् आश्रमे उपस्थितो नास्ति, सः तस्य पुत्र्याः किमपि अदृष्टं दोषं नाम दैवकृतं दोषं परिहर्तुं क्वचित् सोमतीर्थं प्रति शान्तिकार्यं कर्तुं शान्तिकर्म कर्तुं क्वचित् बहिर्गतः इति. तत् श्रुत्वा पुनः तर्हि आश्रमे कः वर्तते, तस्य पुत्री शकुन्तला तत्र आश्रमस्य योगक्षेमान् द्रष्टुं सा वर्तते इति. तर्हि अहं शकुन्तलामेव द्रक्ष्यामि, सा एव मां कर्मस्य कर्मं प्रति निवेदयिष्यति. यतः क्षत्रियस्य चक्रवर्तिनः ततः एतावद्दूरम् आगत्य यदि आश्रमे न गम्यते तर्हि सम्यग्रूपेण ऋषीणां सम्माननं कृतमिव न स्यात् इति धिया प्रविशति. प्रविशन्नेव तिस्रः बालिकाः पश्यति, युवत्यः याः घटैः जलमानीय आनीय लघु लघु वृक्षेभ्यः जलं यच्छन्तो भवन्ति. अपि च एकान्तस्थलम् इति कृत्वा ते स्वसहजतया, यस्मात् बाल्यतः अपि मित्राणि आसन्, तस्मात् विश्रम्भवशात् विश्वासवशात् स्वकीयव्यवहारं यथा मित्राणां मध्ये योग्यः व्यवहारो भवति तथा ते योग्यं व्यवहारं कुर्वन्त्यः आसन्. तत् राजा दूरत एव शृणोति, अपवार्य शृणोति. इत्युक्ते एकस्य वृक्षस्य छायायाम् उपविश्य यथा दुष्यन्तं ते न पश्येयुः तथा स्थित्वा ताः न पश्येयुः तथा स्थित्वा तासां वार्तालापं सर्वमपि शृणोति. एकः रमणीयसन्निवेशः स भवति. तावत् प्रसङ्गे प्रसङ्गानुप्रसक्ततया किञ्चित् यदा एकः एकस्मिन् वृक्षे जलं निषिक्तमासीत् ततः भ्रान्तः कश्चन भ्रमरः किञ्चित् शकुन्तलां पीडयति, शकुन्तला मुखं प्रति आगच्छति. तेन भीता शकुन्तला यदा रक्षार्थम् आक्रन्दति, परिहासार्थं प्रियम्बदा वदति कः रक्षिष्यति दुष्यन्तमाक्रन्दा इति. यतोहि राजा खलु रक्षको भवति. ते तु तास्तु चिन्तयन्ति केवलम् एकः एकान्तदेशः, ताः न जानन्तु दुष्यन्तः अत्र उपस्थितः इति. अयमेव समयः इति कृत्वा एक तत्र गत्वा तत् भ्रमरं तु अवश्यमेव दूरीकरोति. तावता च को भवान् इति पुष्पः वदति, किञ्चित् न सत्यमिति न, परन्तु दुष्यन्तः इति आत्मानं न प्रकटयति, अपि तु दुष्यन्तस्य धर्माधिकारिणम् आत्मानं कथयति. यः स तपोवनसंरक्षार्थं कार्यसंरक्षणार्थम् आगत इव इति. यतोहि दुष्यन्त इति आत्मनः आविष्कारे तासां हृदयम् अवगन्तुं न शक्यते, अथवा तासां सहजप्रवृत्तिः यादृशी या रमणीया प्रवृत्तिः अस्ति सा रमणीया प्रवृत्तिः विघ्निता भवति. वस्तुतः तस्य आगमनेनैव अर्धं विघ्निता. महाराजः आगतः इत्युक्ते ततोपि विघ्नितो भवति इति कृत्वा सः एवं किञ्चिदिव असत्यं कथयति. परन्तु तावता प्रथमदर्शने एव शकुन्तलां दृष्ट्वा एषः अतीव मुग्धो भवति, शकुन्तलायां प्रतिमान् भवति। एवमेव प्रथमदर्शने शकुन्तला अपि राजानं दृष्ट्वा प्रथमदर्शने एव कमपि विलक्षणं विकारम् अनुभवति, तदपि कथयति शकुन्तला अनसूयायाः कर्णे कथयति कथमेवं संवृत्ताहम् इत्यादि इत्यादि। अनन्तरं राजा जागरूकतया एषा शकुन्तला कण्वस्य कीदृशी पुत्री इति वार्तालापसमये एव विधान्तरेण पृष्ट्वा जानाति, यतः पश्चिम मनसि क्लेशः एषः आसीत्। कण्वस्य पुत्रः शकुन्तलादर्शनमात्रेण शकुन्तलायाम् एकः रतिमान् जातः, परन्तु ब्राह्मणस्त्री तु क्षत्रियस्य योग्या न भवति करणेतु। तर्हि सः वदति, अयोग्यस्त्रियां मम मनः कथं प्रवर्तते, मम मनः प्रवर्तितुमेव न शक्नोति, यतोहि अहं धर्मिष्ठः राजा। तर्हि धर्मिष्ठस्य राज्ञः यत्र मनः प्रवृत्तिः मनसः प्रवृत्तिर्भवेत् तत्रैव मनः प्रवर्तेत, अन्यत्र न प्रवर्तेत। मम मनः कथमेवं प्रवर्तते इति यदा कञ्चित्कालं यावत् किञ्चित् क्लेशम् अनुभवति, अनन्तरं क्रमशः जानाति यत् शकुन्तला एषा कण्वस्य औरसपुत्री नास्ति, अपि तु पालितपुत्री वर्तते। तदनन्तरं यदा पालितपुत्री इति ज्ञातं, तर्हि पितरौ कौ इति पुनः प्रश्नं कृत्वा वयोदेत कुत्र कार्यं करोति सर्वम् एतत् सहजरीत्या अवगम्य विश्वामित्रतः मेनकायां सा समुत्पन्ना स्त्री वर्तते इति विज्ञाय क्षत्रियकुलोद्भवा एषा इति यदा निश्चयं करोति, तदानीं स्वकीयमनःतः विषये स्वस्य विश्वासं वर्धयति। यतोहि प्रायः कालिदासः एकं वचनं वदति, तत् कालान्तरे सर्वेषां मार्गदर्शकं वचनं जातम् इत्युक्ते, असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्या महिलाशिनी मनः पठिष्यामः स्वयम् आयाति। तदस्ति, तद् बहु सुन्दरमस्ति, बहु सुन्दरं तत् पठिष्यामः वा न वा न ज्ञायते, बहु सुन्दरमस्ति तत्। भ्रमस्य विषयेपि अभिलाषविप्रलम्भशृङ्गारं तत्र प्रदर्शयति, इत्युक्ते स्वस्य अभिलाषा तत्र जाता तस्मात्। अनन्तरं पुनः सर्वं तस्याः वृत्तान्तं ज्ञात्वा गमनसमये तत् अङ्गुलि एकं केनापि विषयेण इच्छति, स्वस्य अङ्गुलि एकम् इत्युक्ते किमर्थमित्युक्ते, यदा शकुन्तला प्रियंवदा अनसूये इति द्वौ सख्यौ, यत् शेक्स्पियर् महोदयस्य एक टेक्निक् अस्ति, शेक्स्पियर् नाटकेषु यद्यत् वयम् अनुभवामः विशेषतया कीर्तनं कुर्वन्ति तत्सर्वं वयं कालिदासे अनुभवामः, नाम इत्युक्ते शेक्स्पियर्तः कालिदासेन न स्वीकृतं, तथापि अनुभूतमिति, यतः एकं विशेषतया शेक्स्पियर् विषये कथयन्ति, सर्वत्र ड्रामा मध्ये सः किं करोति, कान्ट्रास्ट् केरेक्टर् स्थापयति, एकः प्रगल्भश्चेत् एकः किञ्चित् साधारणः इव। अत्रापि सखीद्वयम् अनसूया प्रियं वदेति, अनसूया तु अतीव इन्नोसेण्ट्, स्ट्रेट् फार्वर्ड्, एवमेव यद्यदस्ति तत् साक्षात् पृच्छति, साक्षात् ज्ञातुमिच्छति। प्रियम्बदा तु अतीव प्रगल्भा, अभिज्ञानशाकुन्तले प्रियम्बदा वचनम् एकैकमपि रत्नमिव दृश्यते, सा मुखम् उद्घाटयति इत्युक्ते किमपि चमत्कारं करिष्यन्ते। प्रियम्बदायाः चित्रणं कालिदासस्य प्रागल्भ्यं प्रकटयति, अतः मध्ये शकुन्तलताम् एते शकुन्तलायाः दुष्यन्ते मनस्सङ्गतिमुपलक्ष्य प्रियम्बदा किञ्चित् तादृशवचनैः तां किञ्चित् किञ्चित् क्लेशयति स्म, न क्लेशः अपि तु विनोदयति स्म। तावता शकुन्तला मध्ये वदति सहजसिद्ध सङ्कोचेन, ओ एषा किमपि अनपेक्षितं सर्वं जल्पति, अहं गच्छामि, अत्र अहं भविष्यामि अपि इच्छति जल्पनं तथापि गच्छामि इति वदति. किं कुर्मः? तर्हि गच्छामि इत्युक्ते सा कथमपि स्थापनीया. प्रियम्बदा वदति, वृक्षसेचनसमये घटद्वयं मम कृते भवता देयमस्ति, भवत्याः कृते अहं घटद्वयम् अधिकं जलं सिक्तवान्, तदर्थं घटद्वयम् अत्र सेचयित्वा गच्छति इति वदति. येन केन तावता दुष्यन्तस्य कश्चन अवसरः, एष वदति, अरे सा तु एतावता तावज्जल आहरणेनैव एषा परिश्रान्ता वर्तते, इतोपि एतस्याः परिश्रमः न सम्पादनीयः. स्वयं सुकुमारशरीरा एषा, स्वयम् अत्यन्तललिता पेशला च एषा, कथम् इतोपि काठिन्यम् अनुभवेत्? दया जाता. सुन्दर स्त्रियां एकांते यदा सुंदरी कन्या लभ्यते सर्वे दयालवो. अतः एष किं करोति, स्वकीयाम् अङ्गुलिम् एतदङ्गुलीयकं तत्प्रत्याम्नायरूपेण स्वीकृत्य येनां मोचयतु इति वदति. तत् डेबिट् क्रेडिट् बेलेन्स् अतः तत्र सोपि इच्छापूर्वकमेव अङ्गुलीयकं ददाति. तत्र यदा अङ्गुलीयकं पश्यति तत्र दुष्यन्तः इति नामाक्षराणि भवन्ति. तावता तेषामपि मनसि तावता कालेन एतस्य दुष्यन्तस्य आकारविशेषं, वचनप्रागल्भ्यं, तस्य उन्नतवंशीयानाम् उन्नतानां व्यवहाररीतिः भिन्ना भवति. स तु स्वयं चक्रवर्ती, तत् ते अपि अनुभवन्त ताः अपि अनुभवन्त्यः एव आसन्, किञ्चित् किञ्चित् ज्ञाताज्ञातमिव ते स्पृशन्तः आसन्, सत्यं जानन्त्यः आसन्. तावता अङ्गुलीयकाक्षराणि यदा पठितानि तावता तदपि प्रायः सिद्धमेव. तथापि सः केवलं तत् सः स्वस्य आत्मनः आच्छादनमेव कथमपि साधयति. तदनन्तरं यावत्पर्यन्तं प्रथमाङ्कस्य प्रयोजनम् एतयोः परस्परमेलनं, परस्पर अनुरागः, परस्परं किञ्चित् यद् ज्ञातव्यं तत् ज्ञापनम्, अनन्तरं परस्पर इच्छाप्रकटनम् ऐडेण्टिटि, एतावत्पर्यन्तं साधनीयमासीत्, इदं सिद्धम् इति कृत्वा कालिदासः वन्यगजम् एकं प्रेषयति. तावता वन्यगजः एकः आश्रमे प्रविष्टः इति क्षेति रक्षन्ताम् रक्षन्ताम् इति आक्रोशनं करोति. किं जातम् इत्युक्ते मत्तगजः एकः अरण्ये आश्रमारण्ये प्रविश्य सर्वं नाशयति नाशयति, केऽपि आगत्य रक्षन्ताम् रक्षन्ताम्. तर्हि दुष्यन्तः झटिति अहं पुनः मेलिष्यामि इत्युक्त्वा अहम् आश्रमरक्षार्थं गच्छामि इति कृत्वा गच्छति. एताः अपि गच्छन्ति, तावता प्रथमाङ्के प्रथमावधिः भवति. प्रथमाङ्के केवलं मेलनमात्रं भवति. कियद्दूरं पठितुं शक्नुमः पश्यामः. कालिदासस्य विषये तु बहु वक्तुं शक्नुमः. वयं तु टेक्स्ट् पठामः, बहु सुन्दरं भवति एतत्. अत्र यत् टेक्निक् तेन स्वीकृतं तत् अत्यन्तसहजं भवति. तस्य अभिप्रायाः लेखनपद्धतिः अतीव विलक्षणा भवति. अस्तु, लेक्चर् मोड् मध्ये तु अन्यत् बहु वक्तुं शक्नुमः. ऐरणी अपि प्रतिपदं भवति. कालिदासस्य शेक्स्पियर् इत्यस्यापि अन्य एक टेक्निक् वर्तते. प्रतिनाटके प्रतिनाटकम् ऐरणी करोति, नाम भविष्यदंशं पूर्वतः सूचयति, सर्वदा सूचयति. शेक्स्पियर् इत्यस्य एतद् महत्त्वमिति तस्य व्याख्याकारः बहु लिखन्ति. कालिदासोऽपि सर्वं सूचयति, आदितः आरभ्य सर्वदा सूचयन्नेव भवति किं किं भविष्यति इत्यादि. तत्र संस्कारः अधिको. अस्तु, वयं मङ्गलश्लोकं पठामः. भवतां हस्तेषु पुस्तकमस्ति वा? न, तर्हि अहं कथं पुस्तकं पाठयामि? तर्हि लेक्चर् एव ददामि. या सृष्टिस्प्रस्तुराद्या वहति विधिहुतं या हविः, या च होत्री, ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्तविश्वं, या माहुः सर्वबीजप्रकृतिरिति, यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नः तनुभिरवतु वस्ताभिरष्टाभिरीशः. एषः कालिदासः शिवभक्तः. सर्वेष्वपि नाटकेषु परमशिवस्यैव एषः नान्दीश्लोके मङ्गलश्लोके अभिवर्णितवान् अस्ति कुमारसम्भवमपि लिखति किञ्चित् शोभक्त इति केचन वैज्ञानिका केचन विमर्शकाः मन्यन्ते. अत्र अष्टमूर्तिः अष्टमूर्तेः ध्यानम् इति कथ्यते. अष्टमूर्तिः नाम पञ्च भूतानि पृथिव्य तेजो वायु आकाशादि पञ्चभूतानि. अनन्तरं यजमानः तथा सूर्या चन्द्रमसौ सूर्यस्य चन्द्रस्य इति अष्टौ अपि मूर्तयः भवन्ति परमशिवस्य इति अष्टमूर्तिः इति परमशिवस्य एका मूर्तिः वर्तते इत्युक्ते विश्वात्मकता एव. यजमानः इत्युक्ते यज्ञसन्दर्भे यजमानः भवति. यः यजमानः यज्ञं कारयति सः यजमानः. अत्र तत्र यज्ञसन्दर्भे यजमानः इत्युच्यते. नो चेत् कर्तृत्वं यस्य कस्यचिदपि कार्यस्य एकः कर्ता भवेत् सः कर्ता एव परमेश्वरः इति रूपेण सर्वे पुरुषाः स्वीकृताः भवन्ति. एवञ्च परमशिवस्य विश्वात्मकत्वम् अष्टमूर्तिध्यानेन सम्पद्यते इति कथयन्ति. अत्र या सृष्टिः स्रष्टुः आद्या स्रष्टुः ब्रह्मणः या आद्या सृष्टिः ब्रह्मणः आद्या सृष्टिः का. ब्रह्म यदा सृजति स्म प्रथमं किं सृष्टवान् इत्युक्ते पौराणिकप्रमाणवचनानुसारम् अप एव ससज्जादौ इति पुराणानि कथयन्ति. प्रथमा सृष्टिः आपः इत्येव अस्माकं पुराणेषु वर्तते. प्रायः विज्ञानिनः अपि प्रथमं जलस्यैव सृष्टिम् अङ्गीकुर्वन्ति. अस्माकं परम्परायामपि आद्या सृष्टिः जलमेव. अतः या सृष्टिस्रष्टुः स्रष्टुः ब्रह्मणः या प्रथमा सृष्टिः इत्युक्ते किम् आगतम् जलम् वहति विधिहृतं या हविः विधिशास्त्रोक्तप्रकारेण हुतं होमे अर्पितम् अग्नौ अर्पितं हविः यद्यत् होमे पदार्थजातम् अर्पयामः स पदार्थः हविः इत्युच्यते तस्य नाम. कदाचित् अन्नं भवेत् कदाचित् पायसं भवेत् कदाचित् अन्यवस्तु भवेत् सर्वमपि वस्तु यद्यत् वयं होमे पदार्थतया विनियुञ्जुमहे तत्पदार्थं हविः इति वदामः. शास्त्रोक्तप्रकारेण हुतं हविः यः नयति यः तत्तद्देवताः नयति. इन्द्राय स्वाहा इत्युक्त्वा कस्मै दीयते? इन्द्राय न दीयते, अग्नौ दीयते. प्रजापतेः स्वाहा इत्युक्त्वा प्रजापतेः न दीयते, अग्नौ दीयते. तर्हि किं करोति इत्युक्ते अग्निः तत् हविः स्वीकृत्य यथा शेर् सः शेर् ब्रोकर् इव यस्य यस्य अकौण्ट् मध्ये यद्यत् देयं तत्तत् सः ताः ताः देवताः प्रापयति. अत एव हव्यवाहनः इति तस्य नाम वर्तते. एवम् अग्नेः तदेव वैशिष्ट्यम्. एवञ्च विधिहूतं हविः या वहति या मूर्तिः या भगवतो शिवस्य भगवतः शिवस्य मूर्तिः वहति नयति सा सा मूर्तिः अग्निः. या च होत्री होमं करोति या सा मूर्तिः नाम कः? होमं करोति यः यजमानः. होमं करोति यजमानः. ये द्वे कालं विधत्तः ये द्वे कालं विधत्तः कालं कुरुतः ये द्वे मूर्ति कालं कुरुतः एष दिवाकालः एष रात्रिकालः इति विभागं कुरुतः चन्द्र सूर्या चन्द्रमसौ सूर्यस्य चन्द्रस्य. श्रुतिविषयगुणा श्रुतेः श्रवणेन्द्रियस्य विषयभूतः शब्दः यस्याः मूर्तेः गुणः शब्दगुणकम् आकाशम् इति कथयन्ति. आकाशस्य गुणः शब्दः. एवञ्च श्रुतिविषयगुणा इत्युक्ते आकाशः. आकाशः एका मूर्तिः या स्थिता व्याप्यविश्वम्. आकाशः कुत्र कुत्र वर्तते? भवतः नगरे आकाशः वर्तते वा? अजित् महोदय अस्ति. मम भ्रमः जातः. क्रियाजुल् मध्ये कदाचित् आकाशः नास्ति. व्याप्य विश्वं व्याप्य आकाशः सर्वत्र व्याप्य वर्तते प्रायः वयं ब्रह्मतत्त्वं ब्रह्मतत्त्वं विष्णुतत्त्वं यदा यदा केनचित् उदाहरणेन वक्तुं प्रयत्नं कुर्मः तदा प्रायः आकाशमेव वयं उदाहरणतया वदामः यतः आकाशः सर्वव्याप्य सर्वत्र वर्तते आकाशः आकाशः नास्ति चेत् किमपि पदार्थजातं तत्र भवितुमेव नार्हति एवमेव विष्णुतत्त्वमपि सर्वत्र व्याप्य वर्तते इति एवञ्च श्रुतिविषयगुणा या मूर्तिः विश्वं व्याप्य स्थिता विश्वं व्याप्य वर्तते सः आकाशमूर्तिः या बाहुः सर्वबीजप्रकृतिरिति सत्याः मूर्तेः सकाशात् सर्वाणि बीजानि प्ररोहन्ति पृथिवी भूमेरेव बीजानि प्ररोहन्ति तस्मात् सा भूमिः यया प्राणिनः प्राणवन्तः प्राणिनः जीविनः प्राणवन्तो भवन्ति केन वायुना यावत्पर्यन्तं देहे वायुरस्ति तावत्पर्यन्तं शरीरं गृहे अस्ति यदा शरीरात् वायुः बहिर्निर्गच्छति तदा शरीरं गृहात् बहिर्गच्छति एवं खलु यया प्राणिनः प्राणवन्तः ताभिः प्रत्यक्षाभिः प्रत्यक्षदृष्टैः एतासु मूर्तिषु या कापि मूर्तिः सर्वाः मूर्तयः भवद्भिः दृष्टाः वा न वा सर्वा मूर्तयः अस्माभिः द्रष्टुं शक्यन्ते स्रष्टुं शक्यन्ते अनुभवितुं शक्यन्ते अतः शिवतत्त्वमपि प्रत्यक्षतः द्रष्टुं शक्नुवन्ति यदि एतासु अष्टसु मूर्तिषु भगवन्तं शिवं द्रष्टुं शक्नुवन्ति तर्हि शिवः दृष्ट एव प्रत्यक्षाभिः कालिदासः लिखति प्रत्यक्षाभिः सर्वाः इमाः मूर्तयः प्रत्यक्षतः द्रष्टुं शक्याः स्वनेत्राभ्यां द्रष्टुं शक्या पृथिवी नेत्राभ्यां द्रष्टुं शक्या आकाशोऽपि न नेत्रेण अपि तु केनचित् इन्द्रियेण तु प्रत्यक्षतया अनुभवितुं शक्यते वायुः अपि स्वगिन्द्रियेण अनुभवितुं शक्यते तद् प्रत्यक्षाभिः तनु अष्टाभिः तनुभिः अष्टशरीरैः प्रपन्नः सहितः एषः शिवः वः पातु इति नान्दीं करोति नान्दी अनन्तरं कथा प्रारम्भार्थं प्रायः नटः नटी इति द्वौ आगत्य किञ्चित् प्रसङ्गं कृत्वा कथाम् आरभ्यत्येक नाटकलक्षणानि बहूनि सन्ति इदानीं बहु वक्तुं समयः नास्ति अतः एतत् प्रस्तावना इत्युच्यते नान्दी प्रस्तावना इति नाटकाङ्गानि भवन्ति तत्र नटः नटी आगत्य किञ्चित् गानञ्च कृत्वा नृत्यञ्च कृत्वा प्रथमं सामाजिकान् नाटकोन्मुखान् कुर्वन्ति अस्माकं नाटकपरम्परायां प्रस्तावना किमर्थम् इत्युक्ते यदा सामाजिकाः आगच्छन्ति सप्तवादने नाटकमिति वदामः कदाचित् एकैकः जनः सप्तवादनपर्यन्तमपि आगच्छेत् सार्धसप्तवादनमपि आगच्छेत् भारतं खलु भारतं नाम टू थर्टी क्लास् इत्युक्ते त्रि ओ क्लाक् भवत्येव किञ्चित् वयं इण्डियन् स्टाण्डर्ड् आफ् टैम् इति स्वीकुर्मः स्ट्रेचबल् टैम् इति तथापि वयं स्ट्रेच् कुर्वन्तो भवामः अतः कञ्चित् कालं यावत् एते एङ्गेज् कुर्वन्ति प्रधाननाटकं नारभन्ते अपि च गीतवाद्यनृत्यादिद्वारा विविधप्रदर्शनद्वारा सामाजिकानाम् एकं सैकोलाजिकल् टेक्निक् वर्तते प्रस्तावनायां तेषां मनसः आकर्षणं कृत्वा प्रधाने नाटके ते यथा प्रवृत्ताः भवन्ति तथा कुर्वन्ति प्रस्तावनायाम् अतः प्रस्तावना अस्माकम् एकम् अङ्गं वर्तते आर्ये यदि नेपथ्याभिधानम् अवसितम् इतस्तावदागम्यताम् यदि नेपथ्यं नाम मेकप् नेपथ्यम् इत्युक्ते मेकप् एव नेपथ्यविधानम् अवसितम् नेपथ्यं सर्वं कृतं चेत् इति आगच्छति आर्यपुत्र इयमस्ति आर्यपुत्र इति सम्बोधनं भर्तुः आर्यपुत्र इति सम्बोधनम् अस्माकं संस्कृतनाटकेषु पूर्वं संस्कृतमाध्यमेन वार्तालापसमये भर्तुः संबोधनम् आर्यपुत्रः इति संबोधनेनैव भवति। आर्यस्य पुत्रः इत्यर्थः, आर्यो नाम श्वशुरः, पूज्यः आर्यः तस्य पुत्रः इति अर्थे आर्यपुत्र इति कथ्यते। आर्यपुत्र इतस्ताव आर्य अभिरूपभूयिष्ठा परिषदि, एषा परिषत् अभिरूपभूयिष्ठा, अभिरूपैः यत्र अभिरूपाः पुरुषाः भूयसा संख्यया वर्तन्ते तादृशी एषा परिषद् वर्तते। अभिरूपः इत्युक्ते कोऽर्थः, यः यत्र भवितुमर्हति सर्वात्मना सः तत्र अभिरूपः, इत्युक्ते योग्याः ये सामाजिकाः ते बहवः अत्र आगताः। अतः अद्य खलु कालिदासग्रथितवस्तुना नवेन अभिज्ञानशाकुन्तलनाम्ना नाटकेन उपस्थातव्यमस्माभिः। अद्य अस्माभिः कालिदासग्रथित नाटकेन प्रदर्शनी नाटकस्य प्रदर्शनं करणीयमस्ति। नाटके कवेः नामसङ्कीर्तनं प्रस्तावनायां विहितम्, अतः कालिदासः स्वकीयं नाम केवलम् अत्र उद्घाटयति, न तु रघुवंशे कुत्रचिदपि कालिदासस्य नाम नास्ति, कुमारसम्भवे नास्ति कुत्रचित्, मेघसन्देशे नास्ति, अजरामरं काव्यं कृत्वापि स्वकीयं नामापि न वदति, परन्तु नाटकत्रये कालिदासनाम वर्तते। वस्तुतः रघुवंशः कुमारसम्भवञ्च कालिदास कृतमिति वक्तुं प्रमाणमेव नास्ति, तथापि विमर्शकाः भाषासाम्यं भावसाम्यं, यत्र नाटके तस्य नाम वर्तते तत्र तस्य शैली, तस्य तदीयां शैलीं, तस्य रचनापद्धतिम्, अपि च कविपरम्परायां प्रसिद्धिं च आश्रित्य रघुवंशः कालिदासेन रचितः इति वदामः, नो चेत् रघुवंशे कुत्रापि कालिदासनाम नास्ति, मेघसन्देशेपि नास्ति, केवलं नाटकेषु वर्तते। तत्प्रतिपात्रमाधीयतां यत्र प्रति केरेक्टर् जागरूकतया प्रयत्नः करणीयः, यतः अद्य बहु योग्याः छात्राः संस्कृत अभिज्ञानशाकुन्तलं पठितुमागताः, इतस्ततः दुर्बलतया न कथनीयं, जागरूकतया क्लास् स्वीकरणीयम्, अपि च रिकार्ड् अपि कुर्वन्तः सन्ति, यावतः दोषान् अहं करोमि तावतां तत्र मुद्रणं भवति, अनन्तरं एते महानुभावाः मह्यं लेखिष्यन्ति, एतद्रूपं कथं सिद्धं, कथं शुद्धं, कथम् अशुद्धम् इति ईमेल् यच्छन्ति, अहं किं करोमि, कथनसमये दोषाः ध्यायान्ति, अतः जागरूकतया अत्र प्रतिपात्रं प्रयत्नः करणीयः, किञ्चित् शासनं दत्तवान् अस्ति, न कि आपरितोषुविहितप्रयोगस्य आर्यस्य न किमपि परिहीयते। अरे भवन्तस्तु प्रयोगं बहुवारं कृतवन्तः, भवतः प्रयोगे किं वा परिहातुं शक्यते, परिहीयते कथं, न्यूनता कथं वा भविष्यति इति सा सामान्यरूपेण कथयति। सूत्रधारः आर्ये कथयामि चेत् भूतार्थं, भूतार्था नाम सत्यं, भवत्यै एकं सत्यं कथयामि, किं तत् इत्युक्ते आपरितोषाद् विदुषां न साधुमन्ये प्रयोगविज्ञानं, बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः। विदुषाम् आपरितोषात् आङ् वयं किरातार्जनीये पठितवन्तः, आङ् मर्यादा अभिविध्यो आपरितोषात् विदुषां विदुषां पण्डितानाम् आपरितोषात् परितोषपर्यन्तं, परितोषप्राप्तिपर्यन्तं, सेटिस्फाक्टरी रिपोर्ट् टु प्राप्तिपर्यन्तं प्रयोगविज्ञानं, नाटकस्य प्रयोगे यद्विज्ञानम् अस्ति तत् साधु इति अहं न मन्ये। एकस्य प्रयोगस्य साधुता यदा प्रयोगदर्शनानन्तरं तत्रत्य सहृदयाः साधु साधु इति कथयन्ति तदानीमेव साधुता इति स्वीकरणीया, तावत्पर्यन्तं न स्वीकरणीयम्। यतः बलवदपि शिक्षितानां, बलवत् शिक्षितानां नाम अत्यन्तप्रगल्भतया ये शिक्षणं प्राप्तवन्तः तेषामपि आत्मनि स्वविषये चेतः मनः अप्रत्ययम्, विश्वासरहितमेव भवति। यावदपि एक्स्पर्ट् भवतु तथापि यावत्पर्यन्तं कार्यस्य सिद्धिः न भवति तावत् पर्यन्तं तस्य मनसि कश्चन ओ एतत् कार्यं यथा चिन्तितं तथा सम्पद्येत वा न वा इति अवश्यं तत्र संशयस्तु भवत्येव। अतः पण्डितानां परितोषः एव अत्र प्रमाणभूतः। अतः जागरूकतया प्रयत्नं करोतु इति वदति आर्य। एवमेव अनन्तर करणीयम् आर्य आज्ञापयतु। अनन्तरं किं करणीयं वदतु। किमन्यदस्याः परिषदः श्रुतिप्रसादनतः। अस्याः परिषदः श्रुतिः श्रवणम्। श्रवणस्य प्रसादनम् इदानीं करणीयम्। प्रथमं किञ्चित् सङ्गीतकम् आलपनीयम्। तदिदमेव तावत् अचिरप्रवृत्तम् उपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम्। इदमिदानीं ग्रीष्मकालः आरब्धः वर्तते। तं ग्रीष्मकालमेव आश्रित्य एकं गीतं श्रावयतु इति वदति। एवञ्च प्रस्तावनायाम् एकस्य ऋतोः वर्णनं करणीयम् इति नाटकेषु नियमाः। अत्र सर्वत्र नाटकनियमाः भवन्ति। वयं तं नैव जानीमः। तथा जानीमश्चेत् पुनः कालिदासः सर्वं केवलम् एकैकं पीसानीय एवमेव यथा बालकाः एकं लघु लघु चित्रस्य अंशं स्वीकृत्य योजयित्वा एकं बृहत् चित्रं कुर्वन्ति। किं तत् ब्लाक् तद्वत् कालिदासः करोति इति वयं विभावयिष्यामः। प्रत्येकमपि भारतीयं संस्कृतनाटकं 64 बिट्स् मध्ये फटाफट् श्रेष्टुं शक्यते। पञ्चसन्धयः वर्तन्ते। मुखप्रतिमुखगर्भ अवमर्षनिर्वहणाख्याः पञ्चसन्धयः वर्तन्ते। पञ्चसन्धिषु द्वादश त्रयोदश द्वादश त्रयोदश अङ्गानि भवन्ति। एवञ्च 64 प्लाट् कन्स्ट्रक्षन् विषये यथा वयं जानीमः यावत् जानीमः इदानीमपि यत्किमपि नावेल् भवन्तः स्वीकृत्य पाश्चात्यदेशेषु लिखितमपि कथारूपं वा नाटकं वा आनयन्तु, अहं नाटकलक्षणानि तत्र सङ्गमयामि। इत्युक्ते ह्यूमन् ब्रैन् तथैव लिखति इति। तत्र बहु विस्तृतं किमपि व्याख्यानं करणीयं, सरलतया वक्तुं न शक्यते। सर्वस्यापि कार्यस्य बीजबिन्दुपताकाश्च प्रकरी कार्यलक्षणाः इति पञ्च अवस्थाः भवन्ति। आरम्भ यत्र प्राप्त्याशा नियताप्य समागमाः इति पञ्च अर्थप्रकृतयः भवन्ति। इत्युक्ते एकं कार्यमस्ति चेत् 5 स्टेजस् भवन्ति। आरम्भः किञ्चित् प्रथमम् आरभ्यते, अनन्तरं प्रयत्नः क्रियते। आरम्भ नाम प्रथमं सङ्कल्परूपः, लघुतया किं करणीयं, मया किञ्चित् गृहं निर्मातव्यम् इति कार्यं। हा गृहं निर्मातव्यं, किञ्चित् द्वयं, किञ्चित् एतादृशं भवेत्, एतावन्तः प्रकोष्ठाः भवेयुः, इदं तु अवश्यं भवेत्, कार् पार्किङ्ग् तु अवश्यं भवेत्, एकं न द्वयं, यतः पत्नीकार भिन्नं, पत्युः कार् भिन्नम्। अतः प्रथमम् इदानीं पुत्राः न सन्ति, अतः द्वयं कार् द्वयम्, अनन्तरं पुनः कार्यद्वयम् आयाति, अतः तत् द्वयं सन्ति। इतः सर्वम् आरम्भः, अनन्तरं किञ्चित् प्रयत्नः, कः आर्किटेक्ट् भवितुमर्हति, कुतः धनस्य लोन् भवितुमर्हति, तत्र अप्लिकेशन् करणं, किञ्चित् प्रयत्नकरणं, किञ्चित् अस्माकं देशे तु सिमेण्ट् इत्यादि सङ्ग्रहणम्, अत्र तु केवलं सर्वं सिद्धम्, विपणितः आनयनं, केवलम् एक सङ्गमनं करणीयं, गृहं जातं, प्रातः आरम्भं, प्रातः गृहस्य आरम्भः, सायङ्काले गृहस्य परिपूर्तिः। अस्माकं भारते तु किञ्चित् षण्मासान् यावत् एकवर्षं यावत् महती प्रक्रिया प्रवर्तते। तत्र यत् पब्लिक् रोड् भवति तत् अस्माकं प्रैवेट् रोड् भवति, तत्रैव वयं सर्वं सिमेण्ट् स्थापयामः, तत्रैव इष्टकाः स्थापयामः, तत्रैव वयं तत् किमपि लघु लघु पाषाणान् स्थापयामः, तत्र बैक् द्वारा गच्छन् रात्रौ पुरुषः पतिष्यति, तस्य अङ्गभङ्गो भवति, तथापि कोर्ट् वा पोलीस् वा शासनं वा तस्य किमपि सहायतां न कुर्वन्ति। मृतश्चेत् भाग्यशाली, किं मरणं तु भाग्यं खलु, हस्तपादादिकं नष्टं चेत् दुःखी वर्तते, आजन्म हस्तपादं विना जीविष्यति, परन्तु किञ्चित् कालं निन्दिष्यति, यावत्पर्यन्तं मुखे जलमस्ति तावत्पर्यन्तं निन्दिष्यति, तदूर्ध्वं सः किमपि कर्तुं न शक्नोति। एवमेव इदं सर्वं प्रयत्नः, एतादृशं प्रयत्नविशेषं वयं कुर्मः। अनन्तरम् आरम्भयत्न प्राप्त्या च एक सर्वत्यात् कार्यस्य मध्ये एक स्टेज आगच्छति यत्र प्राप्तिर्भवेद्वा न भवेद्वा इत्युक्ते भारते बैंक मध्ये लोन् यच्छामः इति कथयन्ति प्रतिश्रुतिं यच्छन्ति परन्तु तत्र सहस्रं पत्राणि पूरणीयानि भवन्ति सहस्रपत्राणां पूरणे कुत्रापि वैषम्यम् आयाति कुत्रापि न्यूनता आयाति सः वदति नाट् अलौड् अतः मासद्वयपर्यन्तं फ्लो आफ् मनी न भवति तदानीं प्राप्त्या च एतत् गृहं समाप्तं भविष्यति वा न वा इति मध्ये अनन्तरं म्युनिसिपालिटि मध्ये अप्लै कुर्मः अतः कदाचिदपि स्वयं न आयाति स्वयं म्युनिसिपालिटितः अप्लिकेशन् दत्तम् अतः प्लान् अप्रूव् भूत्वा स्वयमागतम् इति अश्रुतपूर्वमेतत् तदर्थं प्रतिदिनं गन्तव्यं प्रातरारभ्य सायङ्कालपर्यन्तं गन्तव्यम् एवं गन्तव्यमेव ईश्वरोऽपि न जानाति वस्तुतः तत् प्लान् अप्रूवल् मेलिष्यति वा न वा एतदेव प्रत्येकस्यापि कार्यस्य प्राप्त्याशा इति कथयामि एका स्थितिर्भवति यत्र किञ्चित् सीसा गेम् भवति इत्युक्ते भवेद्वा फलं भवेद्वा फलं न भवेद्वा इति द्वेधा चिन्तनं भवति सर्वस्यापि कार्यस्य आरम्भ यत्न प्राप्त्याशा हा तदनन्तरं किञ्चित् तस्मै किञ्चित् ज्ञात्वा ज्ञात्वा किमपि एवं दीयते एवं दीयते अनन्तरं निश्चितता भवति नियताप्तिः भविष्यति इति एका स्थितिरायाति अनन्तरं तत् कार्यं सिद्ध्यति यत्किमपि कार्यं लघुकार्यं वा गुरुकार्यं वा भवन्तः स्वीकुर्वन्तु तत्र अवस्थापञ्चकम् अवश्यं भवति एवं खलु एवमेव किञ्चित् बीजम् इत्युक्ते बीजात्मना भवति कथावस्तु प्रथमम् तस्य बिन्दुः नाम यथा जले तैलबिन्दुं निक्षिपामः तत् तैलबिन्दुः कथं प्रसरति जलपात्रे तैलबिन्दुं निक्षिपामः तत् तैलबिन्दुः कथं प्रसरति सर्वतः प्रसरति विस्तृतरूपेण प्रसरति जलस्य यावान् आकारः जलस्य यावत् दैर्घ्यं यावत् वैशाल्यं यावत् वृत्तं तैलबिन्दुरपि तावान् भवति इत्युक्ते एक्स्पाण्ड् भवति बिन्दुः तैलबिन्दुः पतनसमये लघुर्वर्तते बिन्दुस्थितिः कथायाः अपि बिन्दुस्थितिः बिन्दोः विस्तारस्थितिः बीजबिन्दु पताका पताका इत्युक्ते एक मेन् स्टोरी मध्ये किमपि सैड् स्टोरी आगच्छति प्रायः भवन्तः यत्किञ्चित् नावल् स्वीकुर्वन्तु यत्किञ्चित् ड्रामा स्वीकुर्वन्तु शेक्स्पियर् वा भवतु यः कश्चन भवतु मेथडालजि एकमेव अनया दृष्ट्या भवन्तः पश्यन्तु इदं भरतमुनिना क्रिस्तोः पूर्वं लिखित्वा स्थापितमस्ति यदा अहं एस् सि यूनिवर्सिटि मध्ये इङ्ग्लिश् लिटरेचर् मध्ये बि ए अकरवं तर्हि अहं मम हेम्लेट् अण्ड् आज़ू लैकिक् आसीत् शेक्स्पियर् ड्रामा द्वयम् आसीत् अहं नाटकलक्षणानि सर्वाणि तत्र प्रदर्शितवान् अहं न जानामि वस्तुतः न पठितवान् प्रैवेट् केण्डिडेट् किं लेखनीयं संस्कृतनाटकं जानामि संस्कृतनाटकस्य यादृशं विश्लेषणं तादृशं विश्लेषणं हेम्लेट् इत्यस्य यद् जानीमः तल्लिखामः यन्न जानीमः तन्न लिखामः पाठभवान् सेम् भविष्यति अनुत्तीर्णता भवेत् इति अहं प्रतीक्षमाणः आसम् परन्तु उत्तीर्णः आसम् एवं कस्यचित् कृपया सः कृपालुः जातः एकः किञ्चिदपि जानाति यद्यपि हेम्लेट् न जानाति किञ्चिदपि जानाति अङ्काः देयाः इति कृत्वा सः एवं जनति सम्यक् रूपेण परन्तु अस्ति वयं हेम्लेट् मध्ये तु सङ्गमयितुं शक्नुमः लेयर् क्यारेक्टर् इत्यादिकं पताका स्थानीयं वर्तते रामायणे हेम्लेट् मध्ये लेयर् एव तत्र कान्ट्रास्ट् अण्ड् कम्पेरिसन् अपि तथैव हेम्लेट् अण्ड् लेयर् इत्यनयोः सर्वथा भाववैषम्यं व्यवहारवैषम्यम् अनुभवामः रामायणे सुग्रीवकथा पताकास्थानं वर्तते तावत्पर्यन्तं मेन् स्टोरि गच्छति ततः किष्किन्धकाण्डतः प्रायः स्टोरि अन्यत्र गतं रामायणकथा रामस्य चरितं किमस्ति किष्किन्धतः युद्धपर्यन्तं सुग्रीवस्य कथा पताका बीजबिन्दुपताकाश्च प्रकरी कार्यरचना अन्ते कार्यं सम्पद्यते प्रकरी विस्ताररूपेण इति अवस्थापञ्चकम् अर्थप्रकृतयः इति पञ्चकम् एतेषाम् एकस्य एकस्य वन् टु वन् योजनेन पञ्चसन्धयः भवन्ति इत्युक्ते बीजम् आरम्भः बिन्दुः प्रयत्नः पताका प्राप्त्या च प्रकरी नियतास्ति फलागमः कार्य वन वन करस्पॉन्डिंग रूपेण यदा प्लस कुर्वन्ति इज इक्वल टू वन प्लस वन इज इक्वल टू टू तत्र मुखसंधिः फर्स्ट मुखसंधिः अनन्तरं प्रतिमुखसंधिः अनन्तरं गर्भसंधिः अनन्तरं अवमर्षसंधिः अनन्तरं निर्वहणसंधिः इति पञ्चसंधयोः इति प्लाट् कन्स्ट्रक्शन् इज़ इन् फैव् स्टेजेस् अण्ड् तावता एतावदुक्त्वा न स्थापितमस्माकं जनैः ऋषिभिः भरतमुनिना मुखसन्धिः हौ टु डेवलप् मुखसन्धिः ही हेज़् सजेस्टेड् यू 12 कम्पोनेण्ट्स् एम्प्लाय् 8 or 10 or 11 or 7 or 12, you got it. You got it. And how to develop Pratimukha Sandhi, you are again confused. Go to Bharata. He has suggested you 12 components again. 13 components, 13 bits. Just like that Balaha, Ekekam Chitramaniya, Yogi Itva Simham Kurvanti, even class construction Kartum Shakyam Yathasyat, Kata Bharatam Neha Natya Shastre, Vistruta Vivekanam Vartate. एतदधिकृत्य दशरूपकादिग्रन्थेषु विस्तारेण कीर्तनं वर्तते दशरूपकं नवमशताब्दे क्रिस्तोः अनन्तरं नवमशताब्दे दशरूपकमासीत् अतः प्लाट् कन्स्ट्रक्षन् विषये वयं बहु वैज्ञानिकचिन्तनम् अस्माकं वर्तते तत् प्रायः अहम् अनन्तरकाले भिन्नभिन्न काव्येष्वपि अहम् अप्लै कृत्वा अपश्यम् So, more you observe, more it is scientific, turns to be scientific. Solataya kathayami. Bahu aksarya. Tadarantram kathayami. Atra shumat samagatam. Tatra eva hutoha ghanam karaniyam iti agavan. Tatra subhaga salya avagaha patala samsadga surabhi vanavataha prachaya sulaha nidraha divasa parinama ramaniyaha iti ekam shlokam sa gayati, ekam padyam gayati. सुभग सलिल अवगाह ग्रीष्मकाले सलिल अवगाहनम् नाम जलेषु अवगाह शब्दस्य अहं प्रातः व्याख्यानम् अकरवम् खलु इम्मर्स् डूबना इम्मर्स् भूत्वा यत् स्नानं क्रियते तदेव अवगाहनस्नानं कवर् स्नानम् अवगाहनस्नानं नास्ति तत् उत्तमस्नानमस्ति अवगाहनस्नानं निमज्जनं कृत्वा स्नानं करणीयम् अतः ग्रीष्मर्तौ जले अवगाह्य अवगाह्य स्नानं कर्तुं प्रीतिः भवति वा न वा सुभग सलिल अवगाहाः पाटलसंसर्ग पाटल इति कश्चन पुष्पविशेषः किमिति अहं न जानामि न पृच्छन्तु रक्तवर्णो भवति इति तु कवयः वदन्ति तस्य ग्रीष्मकाले ते विकसन्ति तेषां पाटलपुष्पाणां संसर्गेण वनवाताः अरण्यवायवः सुरभि भवन्ति अतीव पोलन् तत् सुरभिवनवाताः भवन्ति अपि च मध्याह्नकाले ग्रीष्मर्तौ यत्र यत्र छाया वर्तते तत्र तत्र निद्रा स्वयम् आयाति अद्य ममापि एवमभवत् केवलं पञ्चनिमेषपर्यन्तम् उपविश्य आगच्छामि इति प्रकोष्ठं गतः तत्रैव एवं ग्रीष्मकालो शीतकालो वा न ज्ञायते वस्तुतः निद्रा अभवत् अर्धघण्टापर्यन्तम् आत्मानं न जानामि स्म नो चेत् वैदिक मेधनुसृद्धे गन्तव्यं चिन्तितवान् पूर्वमेव निद्रा आगता नो चेदपि वैदिक मेथमेटिक्स् मध्ये निद्रा आगता स्यात् पूर्वमेव आगता यतो हि मेथमेटिक्स् निद्रामेव जनयति इत्युक्ते मम तु मेथमेटिक्स् इत्यनेन महान् विरोध इदानीमपि वन् प्लस् वन् त्री इत्यपि कथयामि तथा दुर्बलो धनादिदाने स्वीकारे सर्वत्र दुर्बलता किमपि केल्क्युलेशन् न भवति प्रच्छाय सुलभनिद्राः छायायां निद्रा अत्यन्तसुलभा भवति ग्रीष्मकाले दिवसाः दिनानि परिणामरमणीयाः यावद्यावत् दिनं परिणमते सायङ्कालं प्रति याति तावत् दिनं रमणीयं भवति प्रातरारभ्य दिनं दुःसहं भवति परन्तु यावद्यावत् सायङ्कालः समीपम् आयाति तावत् दिने रमणीयता वर्धते चतुर्वादनतः पञ्चवादनतः बहिर्गन्तुं बीच् गन्तुं क्रीडितुम् अत्र అత్యంత రమణీయం భవతి. కైరణి ఇత్యుక్తవాన్ని ఖలు సమగ్ర శాకుంతలం అత్ర దర్శితం. సుభగ శల్యావగాహ దుష్యంత దుష్యంత సామాన్య సుఖేషు అవగాహనమేవ ప్రాప్తవాన్ శకుంతలాపి అవగాహనం ప్రాప్తవతి. ఉహావపి నాయికా నాయకౌ స్వకీయ అనురాగే నిమగ్నౌ ఆస్తాం సుభగ శరీరావగాహ పాటల సంసర్గి సురభి వనవాతాః ప్రఛాయ సులభ నిద్రాః. ఇత్యుక్తే ఛాయావత్ శాపః శాపేన తస్యాః శకుంతలాయాః ఆత్మ విస్మరణం జాతం. నిద్రాయాం కిం భవతి? సర్వం విస్మర్యతే. తద్వత్ దుష్యంతస్య నిద్రా జాత. ప్రాయః సర్వం కవయః స్పష్టం న కథయంతి. కవీనాం ఏతదేవ చాతుర్యం భవతి. కించిద్ ఉక్తమివ అనుక్తమివ ఉక్త్వా ఉక్త్వా అగ్రే గచ్చంతి. తత్ కిం యదా వయం జానీమః తదానీం అతిశయేన ఆనందం అనుభవామః. ప్రఖ్యాయేన శాపాది రూపేణ దోషేణ సులభ నిద్రా దుష్యంతస్య శకుంతల విస్మరణం యత్ర వర్తతే తత్ర తత్ మధ్యమం చతుర్థాంకే పంచమాంకే ఆగతం. అనంతరం దివసాః పరిణామ రమణీయాః అంతే చతుర్థ షష్ఠాంకే సప్తమాంకే చ పరిణామే తు సర్వం రమణీయం వర్తతే. పునః మరీచాశ్రమే శకుంతల దుష్యంతయోః సమాగమో భవిష్యతి ఇతి ఆగామి ఫలాత్ సర్వమపి విధాంతరేణ వ్యంగ్యమర్యాదయ ధ్వనిమర్యాదయ సూచయతి కాళిదాసః. కాళిదాసస్య అవగమనార్థం కేవలం వాక్యాన్ని పఠిత్వా ప్రయోజనం నాస్తి. కించిద్ అధికమేవ పఠితవ్యం భవతి. వాక్యాన్ని సరళాన్ని భవంతి. పరంతు అనంతరమపి ఏకః శ్లోకవత్ పరిత్యజామః. ఆర్య సాధుదీపం అహో రాగానుబద్ధ చిత్తవృత్తి ఆలిఖిత ఇవ సర్వతో రంగః. యదా ఏక గానం ఆలపితవతి సర్వే తథా అటెంటివ్ సమభవన్. యత రాగాన్ రాగాన్ రాగబద్ధ చిత్తవృత్తి యః రాగః ఆలపితః తస్మిన్ రాగే చిత్తం వినివేశ్య పరిషదా పరిషది వర్తంతే సామాజికః సర్వేపి రంగః సర్వోపి ఆలిఖిత ఇవ వర్తతే ఇతి వదతి. ఆలిఖితః నామ డ్రాన్ ఇవ ఇత్యుక్తే సర్వే ఏవమేవ ఆసన్. కొద్దిపి చలనం నాస్తి. యథా మస్మరైజ్డ్ అభవన్ తథా వర్తంతే ఆలిఖితః ఇతి వదతి. ఆలిఖితః నామ డ్రాన్ ఇవ వర్తంతే సర్వతో రంగః. ఇదానీ అతః ఇదానీం రంగః సర్వః శుద్ధో వర్తతే కథమ ప్రకరణమాశ్రిత్య ఏనాం ఆరాధయామః. కింబా ప్రకరణం స్వీకృత్య కింబా నాటకం స్వీకృత్య ఇదానీం ఏతాం సభాం ఆరాధయామః ఇతి పృచ్చతి ఆర్యః. సంథింగ్ హ్యాస్ గాన్ రాంగ్ విత్ హిమ్. నటి నను ఆర్యమిశ్రై ప్రథమమేవ ఆజ్ఞప్తం భవత్ ఆర్యమిశ్రై భవద్భిః. ఆర్యమిశ్ర ఇది పదం మర్యాదార్థకం. భవద్భిః పూర్వమేవ ఉక్తమాసీత్ అభిజ్ఞాన శాకుంతలం నామ అపూర్వం నాటకం ప్రయోగే అధిక్రియతామితి. అపూర్వం నాటకం ప్రయోగే అద్య ఆనేతవ్యం ఇది భవంతః ఉక్తవంతః ఖలు. ఓహో అహముక్తవాన్ వా. ఆర్యే సమ్యక్ అనుబోధితోస్మి. సత్యం సత్యం సమ్యక్ స్మారితవానస్మి. అస్మిన్ క్షణే విస్మృతం ఖలు మయా తత్. ఏతస్మిన్ క్షణే సర్వమహం విస్మృతవాన్. కిమర్థం తవాస్మి గీతరాగేణ భవత్యాః గీతస్యో రాగః తేన రాగేణ హారిణా మనోహారిణా ప్రసభం హృతః. అహం బలాత్కారేణ కుత్రాపి నీతః కుత్రాపి నీతః. కథం ఇత్యుక్తే ఏష రాజేవ దుష్యంతః సారంగేణ అతిరమ్మత. అతిరమ్మత వేగేన ధావత సారంగేణ మృగేణ ఏష రాజా దుష్యంతః యథా అతిదూరం నీతః తద్వదహమపి అతిదూరం నీతః ఇతి ప్రధానకథాయాః లింకింగ్ కరోతి. ప్రధానకథాయాసః లింకింగ్ కృత్వా ఉభౌ నిష్క్రమతః. తదను మృగమనుసరన్న దుష్యంతః రంగమంచే ప్రవిశతి. బహు సుందరం. షార్ట్ అండ్ స్వీట్. బహుశు నాటకేషు ప్రస్తావన దీర్ఘ భవతి రమణీయాగ్న భవతి. ప్రస్తావన సూతః సూతః రథేన సూతః రథం చాలయతి ఏకః మృగః ధావతి తస్య పశ్చాద్భాగే దుష్యంతః. ఏతత్ సర్వం దృష్ట్వా భారతీయ నాటకేషు प्रयोगानुकूलता नास्ति इति एकः महान् विमर्शः वर्तते. एक बिग् क्रिटिसिज़म् वर्तते, वेलिड् क्रिटिसिज़म् इत्युक्ते इदानीं यत् महान् भवति, मञ्चः कियत् दीर्घो भवितुमर्हति एतावत् भवितुमर्हति अथवा द्विगुणं भवितुमर्हति. तत्र मृगश्च धावनं रथः तेन छेजिङ्ग् इजिट् पासिबल्? इदं तु पासिबल् एव नास्ति. अतः भारतीय रङ्गमञ्चे वैज्ञानिकता नास्ति, प्रयोगार्हता नास्ति, काव्यमिव नाटकानि लिखन्ति, एते वराकाः नाटकं लेखितुमेव न शक्नुवन्ति इति बहवः क्रिटिसैस् कुर्वन्ति. अस्ति केरि अस्ति, समाधानमपि वर्तते. वयं सर्वं दर्शयितुं न प्रवृत्ताः. नाटके यथा द्रष्टव्यांशान् यथा दर्शयामः तथा सूच्यांशान् तथा सूचयामः. अस्माकं नाटके वस्तुद्वयं वर्तते, दृश्यञ्च सूच्यञ्च वस्तु. इत्युक्ते किञ्चित् वयं दर्शयामः नाटके, किञ्चित् वयं सूचयामः विधान्तरेण. न केवलं तत्, अस्माकं कवीनां तादृशी क्षमता वर्तते यया क्षमतया शब्दलेखनद्वारा एव, वर्णनद्वारा एव यथा पदार्थाः प्रत्यक्षीभूता भवन्ति तथा वयं वर्णनं कुर्मः. तेलुगुजनाः सन्ति खलु अत्र, पाण्डवोद्योगविजयालु इति एकं नाटकं वर्तते, बहुदीर्घं भवति, रात्रौ नवदशवादने आरभ्यतो इति नाटकम् अचल्योः जलको इति आरम्भं करोति. प्रातः उषःकालपर्यन्तं पद्यस्यानन्तरं पद्यं, पद्यस्यानन्तरं पद्यम् इति क्रमेण भवति. तत्र मयसभां वर्णयति कश्चित्. तत्र वर्तते क्षुद्रः ग्रामः, तत् कर्तन् प्रायः न्यूनातिन्यूनं दशवर्षेषु तस्य क्षालनं न जातम्, अपि च जीर्णञ्च शीर्णञ्च भवति, तादृशम् एकं कर्तन् भवति. तद्दर्शयित्वा मयसभापद्यानि कथयति एषः. तथापि सामाजिकाः आनन्दम् अनुभवन्ति. इत्युक्ते कोर्थ इत्युक्ते मयसभायाः वर्णनात्मकानि यानि पद्यानि भवन्ति ते तत्पद्यानां, तत्पद्ये यः यत् शब्द सन्निवेशः वर्तते तत् शब्दसन्निवेशं यावदधिकं सामाजिकः चिन्तयति भावनया, सः स्वयं मयसभां तत्र पश्यति. कर्तन् अस्ति चेत् किं, नास्ति चेत् किं, सर्वं प्रदर्शनीयम् इति कुत्र वर्तते? अतः मनोवैज्ञानिकदृष्ट्या अस्माभिः अवगन्तव्यं, न तु प्रायोगिकदृष्ट्या. अतः अत्र कापि क्षतिर्नास्ति. यतः षष्ठाङ्के दुष्यन्तः रथेन आकाशतः भूमिम् अवतरति, कथं दर्शयामः नाटके? प्रयोगार्हं नास्ति, शाकुन्तलम् इस् यूस्लेस् फर् स्टेजिङ्ग् इति कथयन्ति. न, चिन्ता नास्ति. दुष्यन्तः तत्र स्थित्वैव तत् पद्यं यदा सः पठति, अस्माकं कवीनां वयं विश्वसिमः, शब्दजनितमपि कश्चन साक्षात्कारो भवति. केचन तथा कथावाचकाः भवन्ति, यथा केचन तत् पाठवं भवति, केषाञ्चन न भवति. मम माता क्वचित् नगरे वा क्वचित् कुत्रचित् गत्वा आगच्छति चेत् आगत्य सर्वम् अस्मान् कथयति स्म, यथा वयं गतवन्तः इति तथा सा अस्मान् अनुभावयति स्म. परं तत्कौशलं मयि नास्ति, अहं किमपि न वदामि. प्रथमं वदामि चेदपि कश्चिदपि किञ्चिदपि नावगच्छति, अर्धं वदामि अर्धं न वदामि. परन्तु मम मातुः सकाशे तत् सामर्थ्यम् आसीत्. अतः सामर्थ्यं भिन्नभिन्नं, शब्दद्वारा अपि वयं साक्षात्कारं जनयितुं शक्नुमः इति कृत्वा एव. अत एव अस्माकं नाटकेषु बहूनि पद्यान्यपि आयान्ति, वर्णनात्मकानि पद्यान्यपि अत एव आयान्ति. यतः कदा कदाचित् लघु लघु ग्रामेषु, लघु लघु मञ्चेषु, नो चेत् एकैकस्य नाटकस्य प्रोडक्षन् कृते कोटित्रयं दशकोटिरूप्यकाणि अपेक्षन्ते चेत् तावत्पर्यन्तम् एकमेव नाटकं घण्टात्रये कति पश्येयुः? दशसहस्रं जनाः पश्येयुः, द्विसहस्रं जनाः पश्येयुः. परन्तु सर्वजनता कथम् आनन्दं स्वीकुर्यात्? अतः सर्वत्र साधनसम्पत्तिः नापेक्षते इति कृत्वा अस्माकं नाटकेषु वर्णनात्मकानि बहूनि पद्यानि भवन्ति. तादृशपद्य पद्यार्थभावनया वयं तत् चित्रितमिव तं सन्निवेशम् अनुभवामः. इत्युक्ते एक आर्टिफिशियल् मेण्टल् प्लेन् मध्ये नीताः भवामः. तत्र इण्टराक्षन् भवति पात्रैः, So that small stage has no meaning for us. The small stage or the person who is standing there. So you should also tatra asmakam yat yah vimarshaha vartate tasya asmakam uttaram yatadeva. Not only chet prayogarhaha eva bhavanti bhavataha tadrasa natakani drushtva anubhavitum yogyata anasti chata. Yadi bhavataha hrdaye rasa siddhir nasti tari bhavataha you are not tuned to you to that extent. Iti vayam samadhanam vadishyama. Asti. A valid criticism vartate asmakam natakesu kinchit europeyam europe shakespeare ityadi rachita natakesu esa klesha na tesam natakani more down to earth tesam kathaha api down to earth tesam gadya lekhanam api down to earth vidyamanam eva likhanti అస్మాకం భారతీయానాం దృష్టి కా ఇచ్చితే విద్యమానం కిమర్థం లేఖితవ్యం సుఖదుఃఖాత్మక ప్రపంచస్సు వర్తత బృహస్సు నావల్ ఏతావత్ దీర్ఘం ఏకం నావల్ లిఖతి కచ్చిత్ కేవలం దారిద్ర్యం అధికృత్య కష్టం సార్థ దారిద్ర్యం సర్వే వయం అనుభవామ తస్య సహస్ర పుష్పాత్మక కథాలేఖనైన కో లాభ ప్రతి ఏక చలచిత్రం నిర్మాతి పదాధార్య కో లాభ కిమర్థం లిటరేచర్ ఇది మౌలికం ప్రశ్న లిటరేచర్ ఇత్యస్య తాత్పర్యం కిం లిటరేచర్ ఇత్యస్య ప్రయోజనం కిం ఇది మౌలిక ప్రశ్న ఇది మౌలిక ప్రశ్న అస్మాకం వివాద మౌలిక ప్రశ్న మౌలికం తాత్పర్యం ఇదం స్యాత్ యథాస్థిత వర్ణనం తాత్పర్యం చేత్ భవత్పక్ష యోగ్య వయం తథా చింతయామ జన సహ దుఃఖీ భవతు సుఖీ వా భవతు పరంతు వాంగ్మయ పఠనేన సహా ఆనందం అనుభవేది వయం ఆనందాంశే సహ దరిద్రయేవ వా భవతు పరంతు మహారాజ వృత్తాంతం దృష్ట్వా సహ ప్రథమం తత్ ప్లేన్ మధ్య క్షణేన ఆర్టిఫిషియల్లీ కృత్రిమ ప్రకారేణైవ నీతస్తు భవతి తేన కంచిత్ విలక్షణం ఆనందాతిశయంతో అనుభవతి పునః తతః అవతరతి స్వకీయ జీవనే అవశ్యం పతత్యేవ తాదృశ ఎలివేషనేవ ప్రయోజనమితి వయం వదామః ఎలివేషన్ నాపేక్షతే సమాజస్య నిందనం వా స్తుతిర్వా సమాజస్య చిత్రణమేవ వా ఫలం స్యాత్ తర్హి భవత్పక్ష యోగ్య అత్ర ఇది వివాద ఇదానీ లిటరేచర్ కిం రూపం భవేది పరంతు కిం కుర్మః ఇదానీ సర్వే భారతీయాః లేఖకాః ఇతః లేఖకాన్ దృష్ట్వా తాదృశమేవ లేఖనం ఆరబ్ధవంతః ఇదానీ భారతీయ లేఖనం సర్వమపి వాంగ్మయ లేఖనం సర్వమపి యథాస్థిత చిత్రణమేవ అధికాధికం క్రియమాణం వర్తతే పూర్వం అస్మాకం లిటరేచర్ మధ్యే కేవలం యథాస్థితమితి నా ప్రఖ్యాతమితి వృత్తం స్వీకృత్య రామస్య వా దుష్యంతస్య వా కవి అనుభావానుసారం తస్య చిత్రణం కుర్వంతి స్మ పూర్వం మహాన్ భేదః వర్తతే ప్రాచీన సాహిత్యస్య అర్వాచీన సాహిత్యస్య ఆర్ యు ఏబుల్ టు ఫాలో ఐ యామ్ గివింగ్ లెక్చర్స్ ఇన్ మై ఓన్ అవగచ్చంతి మాధ్యమిక స్తర ప్రగత స్తర సర్వే స్తర సంతి నో ప్రాబ్లమ్ సూత అత ఇదం మనసి నర్తవ్యం భవంత కుత్రచిత్ విమర్శం శృణ్వంతి చేత్ కథం రథ స్టేజ్ మధ్యే నాగచ్చతి ఇచ్చితే రథ నాగచ్చతి రథస్య కష్టం భవతి దుష్యంత పద్యామేవ ఆగచ్చతి అరే అత్ర కిం రహస్యం వర్తతే అనంతరం ఏకం శ్లోకం శ్రావయాది యథా హైవే మధ్య ఫ్రీవే మధ్యే భవంతః కార్యాని యథా గత్వా గమన సమయే యాదృశం అనుభవం ప్రాప్నువంతి తాదృశం అనుభవం కాళిదాసః కారయతి భారతే యత్ర రోడ్డేవ నాస్తి రోడ్ ఇత్యస్య క్షేత్రం ఇత్యస్య చ భేద ఏవ న భవతి భారత సర్వత్ర గర్తాః భవంతి విశిష్య కతిచన రాజ్యేషు గచ్చామశ్చేత్ కశ్చిత్ జనః మాం ఉక్తవాన్ యూపీతః బీహార్ సీమా కథం జ్ఞాయతే సః ఉక్తవాన్ యత్ర ప్రదేశ యత్ర గమన సమయే భవతః యానం తథా కించిత్ కూర్తనమేవ యానే భవాన్ కరోతి తత్ బీహార్ ఇత్యస్య సీమా ఇతి జానాతి కశ్చిత్ డెఫినిషన్ దత్తవాన్ కార్యాణి గచ్చన్ను భవేత్ ఎత్ర భవాన్ ప్రతిపదం ఉపరి ప్రయత్నం వినా पूर्ण शरीर उपरिगच्छति, उपरि ताप स्पर्शो भवति, अधस्पतति, पुनः अपि पुनः पुनः अपि पुनः एवमेव यत्र भवति यस्मिन् मार्गे बिहार राज्यम् इति एकः बिहार जनेव माम् उक्तवान्, यः उत्तमं कोऽपि बिहार जनेव पञ्चदश किलोमीटर् अधिकं कोऽपि ड्रैव् कर्तुं न शक्नोति, पञ्चदश मैल् नास्ति किलोमीटर्, यदि ड्रैव् करोति तर्हि वील्स् सर्वं कार् बाडी सर्वं यथेच्छं स्वस्थदिति गच्छति, तादृश मार्गं कृतं, परन्तु कालिदासस्य श्लोकतः वयम् अमेरिकन् रोड् कल्पनां कर्तुं शक्नुमः, अनुभूतवान् अत्र आगत्य प्रत्यक्षीकृतवान्, भारते यदा पाठयामि स्म तदानीम् अहम् अनुभूतवान्, अहं श्रावयामि सः श्लोकः अत्यन्तम् सः वदति कृष्णसारे ददत् चक्षुः, कृष्णसारे मृगे चक्षुः ददत् नेत्रं दत्त्वा त्वयि च अधिज्य कार्मुके, अधिज्यं यत् कार्मुकं नाम हन्तुम् उद्यतं यत् धनुः वर्तते तत् उभयं यदा अहं पश्यामि मृगानुसारिणं साक्षात् पश्यामि इव पिनाकिनम्। पौराणिककथा वर्तते यत्र अग्निः अग्निः खलु मृगरूपं धृत्वा धावति, ईश्वरः तत् गृह्णाति, ब्रह्म वा मृगरूपं धृत्वा धावति ईश्वरः तस्य गृह्णः, अत एव ईश्वरस्य ऐकनोग्रफी मध्ये एकस्मिन् हस्ते मृगो भवति, ईश्वरस्य चतुर्हस्तात्मकं यत्र ईश्वरस्य रूपं भवति तत्र एकस्मिन् हस्ते मृगो भवति। सूत दूरममुना वयं सारङ्गेण वयम् आकृष्टाः, अनेन सारङ्गेण मृगेण वयं दूरमाकृष्टाः, बहु दूरं नीताः, अयं पुनः इदानीमपि एवम् एवं धावति, ग्रीवा भङ्गाभिरामं न पाठयितव्यमिति श्रुतवान्, परन्तु इदमिदानीम् उक्तवान् खलु केवलम् इमेजिनेटिव् फ्लैट्स् मध्ये वयं नयामः इति न, क्वचित् क्वचित् डौन् टु अर्थ् अपि लेखितुं शक्नुमः, अतः डौन् टु अर्थ् लेखनम् एतदेव, पश्यन्तु ग्रीवा भङ्गाभिरामं मुहुरनुपपति स्यन्दने बद्धदृष्टिः, मृगं वर्णयति कालिदासः ग्रीवां पश्चात् पश्चात् भञ्जयति, कुतः भीतिः पश्चाद्भागतः वर्तते, दुष्यन्तः धनुः स्वीकृत्य अनुपतति, अतः अनुपतति स्यन्दने अनुगच्छति स्यन्दने दत्तदृष्टिः, मध्ये मध्ये दृष्टिं ददाति मृगः, तद्दृष्टिदानार्थं ग्रीवाम् एवं भञ्जयति, यदा ग्रीवा भङ्गः भवति मृगस्य तेन असौ मृगः अतीव सुन्दरतया दृश्यते, प्रायः वर्णकाराः मृगचित्रं यदा कुर्वन्ति स्ट्रेट् फेस् न कुर्वन्ति, स्ट्रेट् फेस् कुर्वन्ति चेत् गर्दभैव दृश्यते, किञ्चित् मुखं यदा वक्रं न भवति तर्हि मृगस्य सौन्दर्यं नायाति, कालिदासस्य चक्षुः सर्वत्र सौन्दर्यमेव पश्यति, तस्य जीवने असुन्दरं नैव अनुभूतवान् वा इति मम विचारः, पाषाणं पश्यति सुन्दरं पश्यति, लतां पश्यति सुन्दरं पश्यति, गृहं पश्यति सुन्दरं पश्यति, सर्वत्र हि तस्य नेत्रमेव सौन्दर्यनेत्रं वर्तते, मेघसन्देशे केवलं मार्गं वर्णयति, गमनमार्गमेव वदति 88 स्वीकरोतु, 280 स्वीकरोतु, 5 स्वीकरोतु, 1 स्वीकरोतु, भवन्तः गृहं गच्छन्ति खलु भवन्तः अमेरिका मध्ये एकं चित्रं स्वीकृत्य अथवा तथा केवलं मेघसन्देशं सर्गद्वयं मार्गवर्णनं, परन्तु भवन्तः विप्रलम्बशृङ्गारे निमग्नाः भवन्ति, मार्गमेव वर्णयति, अन्ततो गत्वा किं वर्णयति इत्युक्ते मार्गमेव वर्णयति, मार्गे अपि यद्यत् सुन्दरं वर्तते यद्यत् सौन्दर्यदृष्टिम् एकस्मिन्नपि श्लोके न परित्यज्यते, वस्तुतः कालिदासस्य अत्यन्तवैभवं द्रष्टव्यं चेत् मम दृष्टौ मेघसन्देश एव, रघुवंशः मेघसन्देशः, मेघसन्देशं मनोहरम्, ग्रीवाभङ्गाभिरामं यथा स्यात् तथा अनुपतति स्यन्दने मुहुः दत्तदृष्टिः, भूयो भूयः पश्यन् पश्चार्धेन प्रविष्टः शरपतनधिया भूयसा पूर्वकायम्, मृगस्य कायः अर्धद्वये वर्तते, पूर्वार्धः उत्तरार्धः, पूर्वार्धे शरीरे पश्चार्धः शरीरः प्रविष्टः अन्तर्गतः इति वदति, इत्युक्ते मृगः वयमपि यस्मात् शरीरे यस्मिन् देशे डाक्टर् सात् ददाति इति बालकः चिन्तयति एवं करोति, तदानीं तस्य हस्तः प्रायः उदरे गच्छति, भीतिः इतः भीतिः पाषाणं भविष्यति, प्रतिष्ठति इति वदामः, अस्माकं शरीरं तस्मिन् देशे कुञ्चितं भवति, एवं पृष्ठतः रथः आगच्छति इति कृत्वा पश्चार्धः मृगस्य मृगशरीरस्य यः पश्चार्धः स सर्वोऽपि पूर्वार्धे प्रविष्टः इति कथयति, पूर्वार्धे प्रविष्टः पश्चार्धेन प्रविष्टः शरपतनभिया, शरस्य पतनं बाणस्य पतनभयेन भूयसा पूर्वकायम्, पूर्वकायं सर्वमपि पश्चार्धेन प्रविष्टं वर्तते, दर्भैः सः खादति स्म दर्भान् अर्धावलीरैः, अर्धं खादितवत् अर्धं न खादितवत्, तत् मुखतः श्रमविवृतमुखभ्रंशिः, श्रमेण विवृतः विवृतमासीत् मुखम्, उद्घाटितमासीत् मुखम्, तस्मात् मुखात् ते दर्भकणाः मार्गे पतन्ति, दर्भकणाः मार्गे पतन्ति, दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्य पश्य उदग्रप्लुतत्वात् दीर्घदीर्घं यस्मात् जम्प् जम्प् करोति कूर्दति, दीर्घदीर्घं यस्मात् कूर्दति तस्मात् वियति बहुतरं स्तोकमुर्यां प्रयाति, आकाशे अधिकं प्रयाणं करोति भूमौ न्यूनं प्रयाणं करोति, कुतः एकं किञ्चित् स्पीड् द्वारा एक जम्प् कृतं, जम्प् द्वारा 3-4 meters कवर् अभवत्, पुनः भूमौ पतितं, पदद्वयं भूमौ स्थापितं, पुनः शक्तिं स्वीकृत्य पुनः जम्प् अकरोत्, पुनः 4 meters, एवं च भूमौ केवलम् अङ्गुल पदद्वये, अस्य उदग्रप्लुतत्वात् वियति बहुतरं स्तोकमुर्यां प्रयाति। इदानीम् अहं किञ्चित् त्वरायाम् उक्तवान्, यदि पूर्णसमयः अस्ति एकघण्टापर्यन्तम् एतदेव श्लोकं कथयामि, तदानीं चित्रितमिव मनसि आयाति, इदानीं मृगः दृष्टो वा न वा, इदानीं नाटकं प्रयोगानुकूलं वा न वा इति विचारः किमर्थम्? यावत्पर्यन्तम् अहं मृगं स्वयं पश्यामि सामाजिकानां स्तरः तथा उन्नतः आसीत्। भवन्तः डौन् टु अर्थ् डिस्क्रैब् कुर्वन्ति इत्युक्ते भवदीय सामाजिकानां स्तरः न्यूनः, वयं किं कुर्मः, वयं किं कुर्मः, सर्वं प्रदर्शनीयं भवतां, नो चेत् नावगच्छन्ति इत्युक्ते ते मन्दबुद्धयः, वयं किं कुर्मः, इमेजिनेटिव् फ्लैट् कर्तुं ते न जानन्ति, अहं किं करोमि, इदानीं हेरी पाटर् फ्लैट् कारयति वा न वा, अतः इमेजिनेटिव् फ्लैट् करणमेव वाङ्मयस्य सौन्दर्यम् इति वयं चिन्तयामः, ते तु अन्यथा चिन्तयन्ति, उभयमपि साधु इत्युक्ते न्यूनदृष्टेन ते बहु सुन्दरं लिखन्ति, डौन् टु अर्थ् लेखनं तु तथैव शिक्षणीयं, बहु सुन्दरं प्रपञ्चयति, तत्रापि कला वर्तते, परन्तु नाटकेषु प्रयोगार्हता भवेदेव इति राजाज्ञानात्, यावत्पर्यन्तं सामाजिकाः तादृशभावनात्मकप्रपञ्चे गन्तुं शक्नुवन्ति, अन्ततो गत्वा नाटकं चक्षुर्भ्यां दृष्ट्वा आनन्दमनुभवति वा भावनया दृष्ट्वा आनन्दमनुभवति वा, यावत्पर्यन्तं भावनया प्रत्यक्षं न कुर्वन्ति तावत्पर्यन्तं शकुन्तला सीयती वा सुन्दरा भवतु, कालिदासस्य शकुन्तला तु न भवति, अपि च सर्वत्र तादृश अत्यन्त उत्तम हीरोयिन् प्राप्यते वा, नाट् पासिबल्, अपि च क्वचित् क्वचित् ग्रामेषु यदा नाटकादिकं पश्यामः हस्तद्वयम् उत्थाप्य नमस्कार एव करणीयः, एषा शकुन्तला अतः अक्षितात् कृत्वा एव आनन्दमनुभवाः इत्युक्ते काव्यस्य आवश्यकता नास्ति, अतः काव्ये भावनात्मकप्रपञ्चे साक्षात्कारः आवश्यकः, भावनात्मकप्रपञ्चे साक्षात्कारार्थं स्टेज् 10 feet वा भवतु 100 feet वा भवतु तत्र रथोपि गच्छति एरोप्लेन् अपि गच्छति, न उत्तरमस्ति, क्रिटिसिसम् इस् राङ्ग्, ते न जानन्ति, केवलं वृथा विमर्शनं, ग्रेट् क्रिटिसिसम् अगेन्स्ट् सान्स्क्रिट् ड्रामा, ఇజరాజ్ యూస్లెస్ సిస్టమ్ ఇది కదా యూస్లెస్ సిస్టమ్ ఫర్ యూ బికాస్ యూ డోంట్ హ్యావ్ భావన ప్రపంచ ఇట్ ఇస్ నాట్ మై ఫాల్ట్ ఐ హ్యావ్ భావన ప్రపంచ ఐ కెన్ ఫిట్ ఆన్ టు మై సెల్ఫ్ టు హయ్యర్ లెవెల్స్ ఆఫ్ భావన ప్రపంచ అండ్ ప్లే విత్ ఇట్ ఐఎమ్ కేపబుల్ ఆఫ్ డూయింగ్ ఇట్ యాజ్ లాంగ్ యాజ్ మై ఆడియన్స్ ఆర్ కేపబుల్ ఆఫ్ డూయింగ్ వాట్ ఎవర్ బి ద నాన్ సెన్స్ ఇట్ ఈస్ గుడ్ ఫర్ మీ ఏం తదేష కథేతావత తత్ ఏష కథం అనుపతత ఏవ మే ప్రయత్న ప్రేక్షణీయ సంవృత్త రాజా గాత స్వైత్య ఏతావత మృగస్ దూరం అధికం జాతం ఏష పశ్చాద్గత క్షత్రియ ఖలు స్వకీయ కార్ అస్తి కిం ఉత్తమం కార్ కిమస్తి అత్ర ధీయం ధీయం కారు వా కిమస్తి అత్ కార్ మధ్య గచ్చతి తి దూరం ఏక మృగ గచ్చతి ఇత్యుక్తే అస్య అహంకారస్య కించిత్ కాఠిన్యమాగతం సూతం సూత సర్వదా పూజ్య క్యారెక్టర్ భవతి సంస్కృత వాంగ్మయే కేవలం సూత ఏక ఏవ రాజానం ఆయుష్మన్ ఇతి సంబోధనం కరోతి ఆయుష్మన్ ఇతి సంబోధనం కరోతి సూత సర్వదా జ్యేష్ఠో భవతి రాజ్ఞః అపేక్షయ ఆయుష్మన్ ఇతి సంబోధనం కరోతి దేవా ఇతి న కథయతి సర్వే మహారాజానం దేవ ఇత్యేవ సంబోధనం కుర్యు పరంతు సూత కంచుకి ఇతి ఏక వర్తతే స్త్రీణాం ఆభ్యంతర గృహేషు ఏక పండిత వృద్ధ అతీవ గ్రేట్ సోల్ ఏక కంచుకి ఇతి భవతి కంచుకి ఇతి ఏక సోపి రాజానం ఆయుష్మన్ ఇతి కథ ద్వౌ సేవకౌ రాజానం ఆయుష్మన్ ఇతి సంబోధయత తత్ర సూత ఏక అతేవ సూతపాత్రం అది అతేవ ప్రశ్నే పార్థ సారథి ఖలు ఎత్ర భగవాన్ శ్రీకృష్ణ స్వయం సారథి ఖలు నూనక సారథి పాత్రం బహు ఇంపార్టెంట్ వర్తతే అస్మాకం అర్జునాపేక్షయ శ్రీకృష్ణ మహాన్ తథాపి సహ సారథి రాసి అర్జున రథి ఆసి అత్ర అత కఠినం తు వక్తుం నక్నోతి పరంతు దూరం జాతం వాట్ నాన్ సెన్స్ డ్రైవర్ వాట్ యు ఆర్ డూయింగ్ ఇట్ వక్తుం నక్నోతి అతః కించిత్ జాగరూకతయా వదతి పశ్యత్ అహం పశ్యన్నేవాస్మి కథం ప్రయత్నపూర్వకం ద్రష్టవ్యో జాతః ఇత్యుక్తే ఎక్స్ప్రెషన్ అనుపతత కథం అనుపతత ఏవ మే యద్యపి ఐఎమ్ ఫాలోయింగ్ ఇట్ విత్ మై కార్ యద్యపి అహం మమ రథేన అనుపతనం కరోమి తథాపి ప్రయత్న ప్రేక్షణీయ సంవృత్త ప్రయత్నేన ద్రష్టవ్య కథం సంవృత్త కదా ప్రయత్నేన కించిత్ పదార్థ కశ్చన పదార్థ కదా ప్రయత్నేన ద్రష్టవ్యో భవతి యదా దూరే భవతి యదా సమీపే భవతి సహజతయా ప్రష్టుం శక్నుమః కథం దూరే గతః ఇతి కించిత్ సారథిని యు ఆర్ నాట్ డూయింగ్ యువర్ జాబ్ ప్రాపర్లీ ఇతి ఉక్తవాన్ సూతః ఆయుష్మన్ ఆయుష్మన్ ఓ మై కింగ్ ఉద్ఘాటిని భూమిరితి బీహార్ రోడ్ ఆగతమితి మయా రశ్మి సంయమనాత్ రశ్మీనాం సంయమనాత్ రశ్మీనాం సంగ్రహ అక్కడ కోపి బీహారీయ నాటి అస్తి చేదకితే సుఖమే అనుభవం దుఃఖం నానుభవం స్వయం సేనా తేనే ఒక్క బీప్ జోక్ అస్తి తేను సుఖం అనుభవిస్తాను ఎగ్జాక్ట్లీ 30 kilometers డెస్టినేషన్ మయా కవర్ కరణీయమాసీత్ గయాతః ఏక దేశం ప్రతి ప్రాయః 3 hours వచ్చింది 3 hours కిలోమీటర్ 30 kilometers నాట్ మైల్ 30 kilometers గంతవ్యమాసి 3 hours వచ్చింది కంప్లీట్ 3 hours వరకు సుఖేన ప్రాప్తమంత వయం సుఖం అనుభవామ అతః ఉద్ఘాటిని భూమి భూమి ఉద్ఘాటిని వర్తతే ఇతి కృత్వా రశ్మి సంయమనాత్ రశ్మి నామ అశ్వస్య తత్ కిం తత్ ఉచ్యతే రెయిన్ 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 ఇత్యస్య రశ్మి ఇతి నామ సూర్యస్య కిరణాన్యక రశ్మి ఇత్యుక్తే రశ్మి నామ ఇదమపి అయమపి అర్థ వర్తతే రశ్మి సంయమనాత్ రథస్య మందీకృతో వేగ కించిత్ రథస్య వేగం మందీకృతవాన్ యు విల్ ఫీల్ ద రోడ్ ఈజ్ నాట్ ప్రాపర్ సో ఐ మీన్ otherwise you will again accuse me what again you will tell me the same thing katham dhavayati rajah eva kalu kathinyam bhavati idi bad road madhye api high speed gachhe tena mrugayesha viprakshanta samrutta atah yesha mrugah kinchit dure gatah samprati samadesha vartinah idanim bhavan samadeshe vartate pashyatu na durasato bhavishyati itah param sah prap durasada ప్రాప్తుం అశక్యో నభవతి ఇత్యుక్తే ప్రాప్తుం శక్యే ఏవ భవతి విత్ ఇన్ మినిట్ ఐ విల్ మేక్ యూ రీచ్ ఇట్ నౌ ద గ్రౌండ్ ఇస్ గుడ్ తేన హి ముచ్యంతాం అధీశవః దెన్ లీవ్ లీవ్ అధీశవః అధీశవః మీన్స్ అగైన్ రేన్ ముచ్యంతాం పరిత్యజ్యంతాం కాళిదాసః ప్రాయః శాకుంతలే ఏకస్మిన్ ప్రకరణే ఏకస్య వస్తునః త్రిచతుర్వారం ఉల్లేఖ కరణీయశ్చేత్ భిన్న భిన్న పదానామేవ ప్రయోగం కరోతి పూర్వవాక్యే రశ్మి ఉత్తరవాక్యే అభీషవ అభీషు ఇత్యుక్తేతి రైనేవ రైనేవ అనంతరం యావంతి సంతి పదాని తావంతి ఉపయోగి తత్ర అస్మాకం కవీనాం ఏతదేకం వైశిష్ట్యం తత్ అనంతరం ఇదానీ క్రిటికల్ అప్రైజల్ కృతే సమయ నాస్తి ఇది ఆజ్ఞాపయతి ఆయుష్మాన్ ఇది ఆయుష్మన్ పశ్చ పశ్యా ఇది వదతి తత్ర శ్లోకద్వయం వర్తతే అహం ఏకమేవ శ్లోకం పఠామి యద్ ఆలోకే సూక్ష్మం ఇదమేవ అమెరికన్ కార్ ఫ్రీవే వాట్ ఇస్ ద హైయెస్ట్ ఫ్రీవే మీన్ హై గ్రేడ్ ఫ్రీవే ఫ్రీవే ఇచ్చేవ హై గ్రేడ్ వా ఫ్రీవే ఇచ్చేవ అథవా కిం తత్ ఫ్రీవే ఫ్రీవే మధ్యే గచ్చతి పశ్యంతు కథం వర్ణయతి అక్షోణో దర్శయతి యద్ ఆలోకే సూక్ష్మం యద్ వస్తు ఆలోకే నేత్రే దర్శనే సూక్ష్మమాసీత్ సహస ఆలసడం తత్ విపులతాం వ్రజతి ఏకం బిల్డింగ్ దూరే కించిత్ సూక్ష్మం అప్పియర్ అభవత్ ఝటితి నిమేషద్వయే నిమేషే ఏకస్మిన్ తత్ పార్శ్వే ఆగచ్చతి బృహద్ అభవత్ యద్ ఆలోకే సూక్ష్మం తత్ సహసా విపులతాం వ్రజతి సహసా వైపుల్యం ప్రాప్నోతి విశాలతాం ప్రాప్నోతి సహసా సహసా మీన్స్ వితౌట్ ఎనీ టైమ్ ఈవెన్ ఇమ్మీడియట్లీ యద్ అర్ధే విచ్ఛిన్నం దిస్ ఇస్ మోర్ ఇంపార్టెంట్ యత్ అర్ధే విచ్ఛిన్నం కించిత్ దూర అనంతరం రోడ్ నాస్తి ఇవ భాసతే యదా స్ట్రైట్ రోడ్ భవతి యదా స్ట్రైట్ రోడ్ భవతి యదా భవంతః 200 కిలోమీటర్ స్పీడ్ మధ్య భవంతి తదాని కించిత్ దూర అనంతరం రోడ్ నాస్తి ఇవ భానం భవతి తత్ సహజ సహస కృత సంధానమివ భవతి పునః రోడ్ ఆగత్య లగ్నమివ అనుభూయతే దిస్ ఎక్స్పీరియన్స్ ఇస్ వెరీ కామన్ వైల్ డ్రైవింగ్ ఇన్ ద హైయెస్ట్ స్పీడ్ ప్రథమం తథా దూరం పశ్యామశ్చే రోడ్ నాస్తి ఇవ ఏకత్ర సీమాయాం అనుభూయతే పరంతు వేగస్య కారణాత్ ఎత్ర రోడ్ నాస్తి ఇది అనుభూతవంతః తత్ర రోడ్ సంలగ్నమివ అనుభవామః మార్గం మార్గ సంలగ్నః ఇది అనుభవామః ప్రకృత్యా యద్వక్రం సహజతయా యః మార్గః వక్రో వర్తతే సోపి మార్గః వేగవశాత్ సమరేఖం ఇత్యుక్తే దేర్ ఇస్ అ స్లైట్ బెండ్ ఫ్రీవే మధ్య ఆలస్యం బెండ్ తు నభవతి భవతి చేత్ సర్వేకార తప్రేదు తత్ సైంటిఫికల్లీ తే బెండ్ అపి బెండ్ ఏవ న కుర్వంతి క్వచిత్ కుర్వంతి చేదపి జాగరూకతయా కుర్వంతి యత్ర వేగః అధికః భవతి తత్ర బెండ్ స్వీకార సమయే అపి స్ట్రైట్ లైన్ ఇవ అనుభవ ఆయాతి ప్రకృత్యా యద్వక్రం సహజతయా యద్వక్రం వక్ర యో మార్గో వర్తతే సోపి నయనయో నేత్రయో సమరేఖం దృశ్యతే స్ట్రైట్ లైన్ ఇవ అనుభూయతే బికాస్ ఆఫ్ ద స్పీడ్ నమే కించిత్ దూరే మే మమ కించిదపి న దూరే క్షణమపి న పార్శ్వే రథజవాత్ రథస్య జవాత్ రథస్య వేగ కారణాత్ किमपि वस्तु एक लाइट पोस्ट भवतु भवनं किञ्चित् भवतु अथवा फ्रीवे मध्ये भवनान्यपि न भवन्ति किमपि न भवति शून्यमेव गच्छति 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 अस्माकं भारते एषा दुःस्थितिः नास्ति यत्र यत्र गच्छामः तत्र तत्र किमपि लघु गृहम् आयाति किञ्चित् कुक्कुरः दृश्यते कुक्कुटः दृश्यते जनाः दृश्यन्ते किञ्चित् द्रष्टुं किमपि भवति अत्र फ्रीवे मध्ये गान्धार्याः समवस्था एव यः चालयति तस्य नेत्रस्य आवश्यकता यः उपविशति तस्य नेत्रस्य कापि आवश्यकता नास्ति किं पश्येत् किमपि नास्ति द्रष्टुं खलु गच्छति 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 किमपि द्रष्टुं नास्ति अतः अक्षिणी निमीयात् उपवेष्टुं शक्नुमः चालकः अक्षिणी न निमीयेत् अतः अस्मिन् श्लोके किं वदति किमपि वस्तु न वा क्षणमात्रं दूरे अस्ति तत् न वा क्षणमात्रं मम पार्श्वे वर्तते यद्वस्तु पूर्वस्मिन् क्षणे दूरे आसीत् तद्वस्तु क्षणान्तरे पार्श्वमागतं तदनन्तरक्षणे कुत्रापि कुत्रापि नीति पश्चात् गतमेव पुनः नाहं पश्यामि अतः यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् प्रकृत्या यद्वक्रं तदपि समरेखं नयनयोः न मे किञ्चित् दूरे कथमपि न पार्श्वे रथजवात् क्रिस्तपूर्वं प्रथमशताब्द्यः कालिदासस्य कालः वाट् स्पीड् मध्ये एषः अनुभवो भवितुमर्हति वाट् कुड् बि द स्पीड् आफ् द वेहिकल् फर् दिस् एक्स्पीरियन्स् मिनिमम् 100-120 किलोमीटर् स्पीड् मध्ये एव मिनिमम् 100 किलोमीटर् स्पीड् नास्ति चेत् एषः अनुभवः भवितुं नार्हति इफ् यु ड्रैव् इन् 20-30 किलोमीटर् स्पीड् दिस् एक्स्पीरियन्स् विल् नाट् कम् ओके नौ हौ कालिदास कुड् इमेजिन् is prajnachakshu. That is the flight of imagination. We were great in two things. One, in perfect reasoning and mathematical calculation. And second, unlimited flight of imagination. These two are our strength. Of course, sometimes weakness too. Imagination, bahu abhavat, rastram tatre vartate, asmatam chintanam bahu parivartate. चिन्तनं बहु उपरि वर्तते राष्ट्रं तु तत्रैव वर्तते यदालोके अनुभूतवन्तो वा एतादृशपद्यवाङ्मयचित् एतादृश अपि च अनदर् क्रिटिसिसम् वर्तते संस्कृतनाटकेषु पद्यानि भवन्ति सहज एक्टिङ्ग् कृते प्रतिबन्धकानि एतानि भवन्ति इति एकं क्रिटिसिसम् वर्तते किञ्चित् एक्षन् कृते तु प्रतिबन्धकमस्त्येव पद्यपठनं अपि च अत्र रागादिकं योजयन्ति विशेषतः उक्तवान् खलु पाण्डवोद्योगविजयालु एकैकं पाद्यं विंशतिनिमेषपर्यन्तं गायन्ति भवान् कदाचित् दृष्टवान् वा पाण्डवोद्योगविजयालु सा कला नश्यन्ति इदानीं तथा प्रबुद्धाः न सन्ति बहु विषादः मनसि जायते कति रागेषु गायन्ति कियदुच्चैस्वरेण गायन्ति मैक्रोफोन् नापेक्षितं ग्रामपञ्चकस्य श्रूयते ग्रामपञ्चके श्रूयते अर्धरात्रं कुर्वन्ति खलु सर्वं शान्तं भवति ग्रामपञ्चकं यावत् विना मैक्रोफोन् विशेषं मैक्रोफोन् कुत्र अस्ति मैक् कुत्र वर्तते विना यत्किञ्चित् तेषां कण्ठस्य गाम्भीर्यं तेजः रागस्य आलापनं कुर्वन्ति चेत् कियत् फ्लैट् मध्ये गत्वा नीचैरागच्छन्ति महान् कश्चन विलक्षणः अनुभवः परन्तु एक्षन् शून्यम् एक्षन् शून्यम् आगच्छति दण्डायमानो भूत्वा ओ इति कथयति बल्लारि राघव प्रीतपाटि नरसिंहमूर्ति रघुरामय्य ईलपाटि रघुरामय्य षण्मुखि आञ्जनेयराजु अहम् ऐ एम् फ्यान् आफ् षण्मुखि आञ्जनेयराजु बल्लारि राघव नाहम् अश्रवसं षण्मुखि आञ्जनेयराजु बहु सम्यक् जायते तस्य गले किं गाम्भीर्यम् अतः यद्यपि स्टेजिङ्ग् कृते एक्षन् कृते प्रतिबन्धकानि इमानि पद्यानि वगेरा भवन्ति तथापि लौकिकस्थितौ एव विद्यमानाः अलौकिकताम् अनुभावयितुम् एतादृशपद्यानि उपकारकाणि भवन्ति अलौकिकतानुभवं सम्पादयन्ति क्षणेन भवन्तः तत् रथवेगस्य मनसि चित्रणं प्राप्नुवन्ति मनसि चित्रणं एतत् वाङ्मय साहाय्येन प्राप्नुवन्ति एतन्मध्ये हा सूत तस्य एनं व्यापाद्यमानम् एष मृगः म्रियमाणं मार्यमाणं इमं पश्यतु नाम एनम् इदमिदानीं मारयामि इति यदा बाणं मोक्तुमुद्युक्तः तदा भोभो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः अस्माकं संस्कृतदेशः वर्तते कश्चित् सामान्य वन्यः आश्रमवासी राजानं प्रति वक्तुं शक्नोति राज्ञः कृते डिक्टेट् कर्तुं शक्नोति आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः It should not be killed. That is, यद्यपि राजा सर्व अधिकारी वर्तते तथापि संस्कृतिः तथा प्रबला वर्तते धर्मे अधर्मे तु तं सर्वे वदन्ति आयुष्मन् अस्य खलु ते बाणपातवर्तिनः कृष्णसारस्य अन्तरे तपस्विनः आगताः तेन हि प्रगृह्यन्ताम् वाजिनः अश्वाः प्रगृह्यन्ताम् कंट्रोल देम स्टॉप द कार सूतः तथा वैथानतः आश्रम मृगोयम् न हन्तव्यो न हन्तव्यः एकः ऋषिबालकः नखनु नखलु बाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे पुष्पराशौ इव अग्नि नखलु नखलु बाणः अस्मिन् मृदुनि मृगशरीरे मृदु मृगशरीरे ललिते कोमले मृगशरीरे अयं बाणः न सन्निपात्यः न पातनीयः कथं पुष्पराशौ अग्निः इव पुष्पाणि सुन्दराणि पुष्पाणि राशीकृत्य स्थापितानि तत्र कश्चित् गत्वा रैफल् स्वीकृत्य शूट् करोति अथवा अग्निं स्वीकृत्य तत्र पातयति चेत् यथा अननुरूपं भवति तद्वत् कोमले अस्मिन् मृगशरीरे बाणः न प्रयोक्तव्यः क्वबत हरिणकानां जीवितञ्च अतिलोलम् अतिलोलम् अतीव दुर्बलम् हरिणकानां लघु लघु मृगाणां जीवितं कुत्र क्वच निशित निपाताः वज्रसाराश्च नास्ति भवतः अतीव सञ्जन्त् अटाक् कुर्वन्ति ये शराः ते कुत्र अनयोः सादृश्यं नास्ति एवं न कर्तव्यम् राजा एष प्रतिसंहृतः विनयः राज्ञः विनयः अत्र प्रकटीक्रियते एष प्रतिसंहृतः प्रायः क्षत्रियाः अधिज्यं कार्मुकं न उपसंहरन्ति तेषां किमपि स्टेटस् वर्तते परन्तु अत्र ऋषिबालका आगता इति कृत्वा उपसंहारः कृतः वैखानसः सदृशमेतत् पूर्वंशप्रदीपस्य भवतः पूर्वंशस्य प्रदीपः यः भवान् भवतः इदं युक्तं वर्तते यतः भवद्वंशे सर्वे राजानः एतादृशमहान्तः आसन् जन्म यस्य पुरोर्वंशे यस्य भवतः जन्म पुरोः वंशे पुरुः इति चक्रवर्ति तदारभ्यैव पुरुवंशः अभवत् पुरुवंशे एव कुरुवंशः अभवत् अनन्तरं पौरवाः इति ते आहूयन्ते स्म युक्तरूपम् इदं तव इदं भवतः युक्तरूपं वर्तते एते सर्वे श्लोकाः भवन्तः श्लोका इति अनुभवन्ति वा कालिदासः सरलता तादृशी भवति श्लोकः एकः शिराचार्यनीमिव अस्ति वा इतः ततः ततः इतः पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि बीजं कथा बीजम् अत्र उक्तं वर्तते एवं गुणोपेतं एतादृशगुणसम्पन्नं भवतः यथा उत्तमगुणाः सन्ति तादृश उत्तमगुणसम्पन्नं पुत्रं चक्रवर्तिनं पुत्रम् आप्नुहि यः चक्रवर्ती भविष्यति तं चक्रवर्तिनं पुत्रं भवान् प्राप्स्यति इति आसीत् आश्रमे प्रविशति चक्रवर्तिनं प्राप्नोतु इति ऋषिबालकाः आशीर्वचनं यच्छन्ति चक्रवर्ती तु विना शकुन्तला तु भवितुं नार्हति इति कृत्वा शकुन्तलाः बीजावापः कथायाः बीज एतदेव बीजम् इति कथयन्ति एतस्य विस्तारं कुर्वन्ति अनन्तरं बीजबिन्दुपताक इति किञ्चित् उक्तवान् खलु इतरौ सर्वथा चक्रवर्तिनं पुत्रमाप्ति राजा प्रतिगृहीतं ब्राह्मणवचनम् ऐ रिसीव्ड् युवर् ब्लेसिङ्ग् वैखानसः राजन् समिदाहरणाय प्रस्थिता वयं समित् यज्ञार्थं समित् स्वीकर्तुं वयं बहिः प्रस्थिताः एष खलु कन्दस्य कुलपतेः अनुमालिनी तीरम आश्रमो वर्तते इतएव मालिन्याः नद्याः तीरे कन्वस्य कुलपतेः कन्वस्य आश्रमो वर्तते कुलपतिः नाम एक स्टेटस अस्ति तेषु दिवसेषु तादृश सहस्रं छात्राः भोजन सहितं अन्न सहितं यत्र अध्याप्यन्ते अन्नदान सहितं यत्र आश्रमे अध्यापन्ते तस्य आश्रमस्य अधिपतिः कुलपतिः इत्युच्यते इदानीम् अहं कथं कुलपतिः इति न पृच्छामि कुलपतेः अनुमालिनीतीरम् आश्रमो वर्तते न चेद् अन्यकार्यातिपातः सी द वे आफ् एक्स्प्रेशन् यदि अन्यस्य कार्यस्य अतिपातः बाधः न भवेत् यदि भवताम् अन्यकार्याणां विघ्नो न भवेत् तर्हि प्रविश्य गृह्यताम् आतिथेयसत्कारः आश्रमे प्रविश्य अतिथिसत्कारं स्वीकृत्य गच्छन्तु राजा आगतः महान् अस्माकम् आनन्दः रम्यास्तपोधनानां प्रतिहतविघ्नाश्रियास्समवलोक्य ज्ञास्यति कियद् भुजो मे रक्षति मौर्वीघ्नाङ्क इति तपोधनानां महर्षीणां रम्याः प्रतिहतविघ्नाः निर्विघ्नाः रम्याः यज्ञक्रियाः विलोक्य भवानिदं ज्ञास्यति केवलम् अस्मान् इदं ज्ञास्यति भवतः भुजः कियद् योग्यं रक्षणं करोति आश्रमाणामिति भवान् एव ज्ञास्यति इत्युक्ते अस्माकं प्रार्थनां सम्मानयितुमेव नागन्तव्यम् अत्र आगमनेन यु केन् गेट् युवर् फीड्बेक् इत्युक्ते हौ भवतः रूलिङ्ग् भवतः प्रशासनं कियत् प्रशस्तं वर्तते येन यज्ञक्रियासु निर्विघ्नतया तपोधनाः तत्तद्यज्ञक्रियां यदा कुर्वन्ति इत्युक्ते सर्वविधसुरक्षा भवद्भिः एव अत्र कृता अतः तेन आनन्दं भवन्तः अनुभवितुं शक्नुवन्ति तपोधना नाम महर्षयः तपः एव धनं येषां ते तपोधनाः ये ये तपस्विना तपः ये कुर्वन्ति ते इत्यर्थः अपि सन्निहितोऽत्र कुलपतिः राजा पृच्छति कुलपतिः अपि सन्निहितः अपि इति अव्ययं वाक्यस्य आरम्भे प्रयुञ्ज्महे चेत् प्रश्नार्थकं भवति अपि कुशलम् कमपि मिलामः अपि कुशलं वस्तुतः कुशलं वा इति वाकारप्रयोगः संस्कृत इडियं मध्ये नास्ति इडियं तु अपि शब्द एव अपि कुशलम् अपि सर्वं सुखं वर्तते गृहे अपि सर्वं सुस्थमस्ति गृहे अपि भवान् एतत् जानाति अपि भवान् एतत् जानाति डु यु नो दिस् अपि भवान् एतत् जाना अपि इति पदं परन्तु पदस्य अनन्तरम् अपि इति यदि इडियं कुर्मः तर्हि समुच्चयार्थकः मम मित्रमपि आगन्तुमिच्छति अहम् आगमिष्यामि मया सह मम मित्रमपि आगन्तुमिच्छति मै फ्रेण्ड् आल्सो वाण्ट् टु कम् अपि शब्दः नाम्नः अनन्तरं प्रयोगे अन्यार्थं वदति वाक्यस्य आरम्भे प्रयोगे प्रश्नार्थकं भवति एतदस्माकम् इडियं वर्तते वस्तुतः शाकुन्तले बहु संस्कृत इडियमस्ति तया दृष्ट्या एव शाकुन्तलम् अध्येतव्यमस्ति परन्तु इदानीं समयः नास्ति कदाचिदागत्य अहं पुनः
कथयिष्यामि
स्त्रीपात्राणि प्राकृतं वदन्ति सर्वेषु संस्कृतनाटकेषु स्त्रीपात्राणि अपि च किञ्चित् मैनर् पात्राणि मैनर् रोल् पीपल् आफ् मैनर् रोल् ते प्राकृतं वदन्ति मन्ये न तथा न तावता कालेन किमभवत् इत्युक्ते यद्यपि महाकाव्यानि शास्त्राणि लिमिटेड् आडियन्स् कृते लिख्यमानानि आसन् तत्र सम्पूर्णसंस्कृतम् आसीत् परन्तु तावता कालेन नाटकं तु केवल स्कालर्स् कृते नास्ति नाटकं तु प्रयोगार्थं प्रयोगार्थं तु नाटकं शास्त्रार्थं तु नास्ति प्रयोगे सर्वे जनाः आगच्छन्ति न केवलं संस्कृतविद्वांसे एव आगच्छन्ति तावता भारते संस्कृतात् प्राकृतानाम् आविर्भावो जातः येषां प्राकृतानाम् अपभ्रंशकारणात् भिन्नभिन्नप्रादेशिकभाषाः कालान्तरे जाताः अतः तस्मिन् सन्दर्भे सामान्यजनतायाः अवगमार्थं किञ्चित् प्राकृतमपि आवश्यकमासीत् सर्वात्मना प्राकृते लिखन्ति चेत् संस्कृतनाटकं न भवति इति कृत्वा अर्धार्धं यथा इदानीं मेगा सीरियल्स् आयान् तत्र मासत्रयं मासचतुष्टयं यावत् एपिसोड न दत्तमिति दुःखमेव न करणीयम्। मासचतुष्टयानन्तरं एपिसोड द्वयं पश्यामः, पूर्ण मासचतुष्टयस्य कथायाः अवगमनं भविष्यति। अमेरिकामध्येपि एवं वा, भारते तथा वर्तते। ओक्योंकी इति एकं, घर् घर् इति एकं, कापि चिन्ता नास्ति। अरे अद्य एपिसोड् परित्यक्तवान्, अद्य पाठे किं जातमिति क्लेश एव न कर्तव्यः। तत्रैव भविष्यति यत्र भवती परित्यक्तवान् इत्युक्ते इदानीं तद्वदेव इदमेकं एफेक्ट् जनयति। मध्ये मध्ये प्राकृतवचनकथनेन योऽपि राजा संस्कृते वदति तस्यापि रियाक्टिव् सेण्टेन्स् यदा प्राकृते आयाति शकुन्तला मुखतः, तदानीं राज्ञा किमुक्तं स्यादिति ते ग्रहीतुं शक्नुवन्ति। अवगमनस्थितिरपि आसीत्, संस्कृतम् अवगच्छन्ति स्म, अपि च प्राकृतं फेसिलिटेट् करोति स्म इति कृत्वा एकां व्यवस्थां कृतवन्तः। स्त्रीपात्राणि मैनर् रोल्स्, लघुपात्राणि च प्राकृतं वदेयुः, उत्तमपात्राणि संस्कृतं वदेयुः इति एका व्यवस्था आसीत्। इदानीमेव दुहितरं शकुन्तलाम् अतिथिसत्काराय नियुज्य, स्वदुहितरं शकुन्तलाम् अतिथिसत्काराय, ये अतिथिः आगच्छन्ति तेषां सत्कारः करणीयः इति, तदर्थं स्थापयित्वा दैवमस्याः प्रतिकूलं शमयितुम्, अस्याः शकुन्तलायाः प्रतिकूलं यद्दैवं, दुष्यन्तः आगतश्चेत् दैवम् अनुकूलं कथं भविष्यति, प्रतिकूलमेव खलु भविष्यति, तत् कण्वः पूर्वमेव जानाति इति कृत्वा अस्याः प्रतिकूलं दैवम् अनुकूलं प्रतिकूलं, प्रतिकूलं दैवं शमयितुं, शान्तिं शान्ति कर्तुं, शान्तिकर्म कर्तुं सोमतीर्थं गताः। सोमतीर्थमिति एकः देशः, तत्र गताः। राजा भवतु, तामेव पश्यामि, येषोऽपि वाक्यं तूष्णीं निर्गच्छति, येषोऽपि तादृशः योग्ये एव पुरुषः, अतः भवतु तामेव द्रक्ष्यामि, शकुन्तलामेव द्रक्ष्यामि, सा खलु विदितभक्तिं मां महर्षेः करिष्यति, महर्षिविषये या मम भक्तिः तां भक्तिं सा निवेदयिष्यति। यदि शकुन्तलाम् अदृष्ट्वा आगमिष्यामि तर्हि मम कण्वविषये विद्यमानां विद्यमाना भक्तिः कण्वाय निवेदिता न स्यात्। अतः शकुन्तलां दृष्ट्वा दशनिमेषान् उपविश्य अतिथिसत्कारं स्वीकृत्य गमिष्यामि, सा कथयिष्यति, महाराजः दुष्यन्तः आगतः, भवन्तं प्रणन्तुम् आश्रमे च आगतः अस्ति, प्रणामान् उक्त्वा गतवान् इति कथयति। एतेन आश्रमैस्तः राज्ञां रापोर्ट् बिल्डिङ्ग् भवति, अतः अवश्यं मया गन्तव्यमिति सः। अत्र तु घनिष्ठ रापोर्ट् वैभवस्तावत् वयं गच्छामः इति कथयन्ति। गोविन्दमहोदयः आगतः इत्युक्ते कोऽपि सङ्केतो भवति, भवन्तं सूत चोदयास्वान् पुण्याश्रमदर्शनेन तावद् आत्मानं पुनीमहि, अस्वान् चोदया अस्वान् प्रेरय पुण्याश्रमस्य दर्शनेन आत्मानं पुनीमहि, लेट् अस् मेक् अवर् सेल्स् ब्लेस्सेड् बै गोयिङ्ग् अण्ड् विसिटिङ्ग् द आश्रम, हि वास् आल् रैट्। सूतः यदाज्ञापयति आयुष्मान्, अनन्तरं आश्रमः कल् कथमिव सूत राजा वदति, सूत अकथितोऽपि ज्ञायते एव यथायम् आश्रम अभोगः तपस्विनामिति, कोऽपि न वदति चेदपि अयं प्रदेशः तपस्विनाम् आश्रमस्य परिसरः, आभोगः आभोगः परिसरः, प्रान्तदेशः इति अकथितोऽपि ज्ञायते एव, कोऽपि न वदति चेदपि ज्ञायते एव। कथं कथमिव, कोऽपि वदति चेत् ज्ञायते, अन्यथा कथं ज्ञायते इत्युक्ते पुनः श्लोकः, कुतः आश्रमस्य परिवेशे सामाजिकाः नेतव्याः, सामाजिकाः आश्रमपरिवेशे नेतव्याः कविना, अतः श्लोकः, नीवाराः सुखगर्भकोटरमुखभ्रष्टास्तरूणामतः प्रस्निग्धाः क्वचिदुङ्गुदी फलभिदस्मिश्चन्त एवोपलाः, विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः, तोयाधारपथाश्च वल्कलशिखा निष्यन्त रेखाङ्किताः। श्लोकं पठामो वा? श्लोकपठने समयः नश्यते, दीर्घदीर्घश्लोकः। येषां वृक्षाणां कोटरेषु, कोटरः वृक्षाणां मध्ये लघु लघु छेदाः भवन्ति, तत्र पक्षिणः निवसन्ति, सः भवति कोतरः। इङ्ग्लिश् इङ्ग्लिश् भाषायां किं वुड्पेकर् न छेदः, वृक्षस्य अधः रन्ध्रं भवति, वृक्षस्य अधः रन्ध्रं भवति, होल् होल् भवति, तस्मिन् होल् मध्ये प्रायः पक्षिणः निवसन्ति। अतः येषां येषु कोटरेषु वृक्षरन्ध्रेषु शुकगर्भाः, शुके गर्भे वसन्ति तेषु कोटरेषु, इत्युक्ते कोटराणां मध्ये शुकाः वसन्ति, तेषां कोटराणां बहिर्भूमौ तरूणाम् अधः वृक्षाणां नीचैः नीवारधान्यानि पतितानि वर्तन्ते। इत्युक्ते सुखेन शुकशापकाः नीवारधान्यम् आश्रमतः आनीय आनीय यदा कोटरे प्रवेशयन्ति कतिचन धान्यानि बहिरपि पतन्ति, अतः तद्दृश्यन्ते सर्वेष्वपि वृक्षेषु ते सन्ति। इत्युक्ते सर्वेष्वपि वृक्षेषु पक्षिणः सुखं निवसन्ति। यदि अरण्यं भवति शृगालाद्वा व्याधाद्वा मृगाद्वा ते सर्पाद्वा भीतभीता भवन्ति, एवं सुखेन प्रतिवृक्षं तेन निवसन्ति, ते क्वचित् क्वचित् उन्नत उन्नत शाखासु निवसन्ति। प्रस्निग्धाः क्वचित् इङ्गुदीफलभिदः, इङ्गुदी इति एकः बीजविशेषः, यस्य बीजस्य चूर्णं तत् बीजं चूर्णयित्वा तत् शेषेषु समर्पयामश्चेत् अत्यन्तशेषाः बहु सुन्दराणि भवन्ति, बहु सुन्दराः भवन्ति। भवन्तः अपेक्षन्ते चेत् कुर्वन्तु, ये विशिष्य महिलाः कुर्वन्तु, बहु सुन्दराणि भवन्ति, बहु अड्वर्टैस्मेण्ट् दातुं शक्यते। ततः परं कङ्कतस्य अपेक्षा न भवति, ततः परं कङ्कतस्य अपेक्षा न भवति, बिकास् यु केनाट् कोम् एनि मोर्, इट् बिकम्स् वन् म्याटि हेर्। इत्युक्ते आर्टिफिशियलि म्याटि हेर् कर्तुम् इङ्गुदीफलानि चूर्णयित्वा लिम्पन्ति स्म, तेन जटाः भवन्ति, इङ्गुदीफलभिदः। तादृश इङ्गुदीफलानां भूयो भूयः घर्षणेन तत्रत्य पाषाणानि सर्वाणि स्निग्धानि दृश्यन्ते। स्निग्धानि नाम यस्मिन् पाषाणे भूयो भूयः किमपि बीजं वयं मर्दयामः, बीजे सर्वस्मिन् तैलांशो भवति, तेन तैलांशेन पाषाणः किञ्चित् स्निग्धः भवति, तादृशपाषाणानि दृश्यन्ते। अतः आश्रमः, यतः आश्रमवासिनां तु अयं धर्मः यत् गतया स्थापयति। अपि च विश्वासोपगमा, विश्वासस्य विश्वासं प्राप्तवन्तः यस्मात् तस्मात् मृगाः शब्दम् अभिन्नगतयः इतस्ततः अभावयित्वा शब्दं सहन्ते, तथा आगच्छति तथापि मृगः एवं पश्यति न धावति। इत्युक्ते तत्रत्य मृगाणां मनसि भीतेः शङ्कैव नास्ति। वन्यप्रदेशे मृगः, पूर्वं यः मृगः आसीत् स तु धावन्नासीत्, यतः सामान्यतः कार् आगच्छति चेत् गावः इत्यादयः बहु वेगेन इतस्ततः धावन्ति, भयेन धावन्ति, परन्तु आश्रमे तेषां मनसि मां कश्चित् किमपि न करोति इति विश्वासप्राप्तिकारणात् इतस्ततः न धावन्तः मृगाः शब्दमपि सहन्ते। अपि च तोयाधारपथा मालिनीनद्याः घट्टः यत्र वर्तते तस्मात् आगच्छन्ति मार्गाः सर्वे जलधाराभिः अङ्किताः भवन्ति। इत्युक्ते मुनयः नद्याम् अवगाहनस्नानं कृत्वा यदा आर्द्रवस्त्रैः आश्रमं प्रविशन्ति, आर्द्रवस्त्राणां ये धारातः तोयं निःसरति, तेन तोयेन ते मार्गाः सर्वेपि आर्द्राः वर्तन्ते, न केवलम् आर्द्राः परन्तु रेखाः वर्तन्ते, लैन्स् फार्म्ड्, वाटरी लैन्स् आर् फार्म्ड् आन् द सर्फेस्। एतत् सूचयति अत्रत्य तपस्विनः प्रतिक्षणं प्रति दिने चतुर्वारं वा पञ्चवारं वा स्नानं कुर्वन्ति, अतः तत् समग्रोऽपि भेदः तथा वर्तते इति एतैः चिह्नैः अहम् अकथित एव अहम एतत् अनुभवामि इति वदति। सूतः सर्वमुपपन्नम् राजा तपोवन निवासिनः उपरोधो मा भूत्। तपोवन निवासिनां डिस्टर्बेन्स् न भवति, उपरोधः उपरोधः इस् डिस्टर्बेन्स्। संस्कृतनाटकानाम् अध्ययनेन एकलाभो भवति। दैनन्दिनिकव्यवहारार्थम् इडियमेटिक् यूस् किं संस्कृत, कदाचित् वयं नूतनपदान्यपि उक्त्वा किञ्चित् कथां आरम्भस्तरे शिक्षयामः, परन्तु संस्कृतस्य प्रतिभासम् एकम् इडियम् भवति, नाम आङ्ग्लभाषायाम् एतदेवमेव वक्तव्यम् इति नियमो भवति, तद्वत् संस्कृतेपि इडियम् वर्तते। तद् ज्ञातुं महाकाव्येषु अधिकं न जानन्ति न भवति, नाटकेषु अधिकं भवति, विशिष्य कालिदासनाटकेषु। तपोवन निवासिनाम् उपरोधो मा भूत्। अतः अपरोध अपरोध स्थापन उपरोध डिस्टर्ब अवरोध मा भूत्। एतावत्येव रसं स्थापय, अत्रैव रसं परित्यज्य पद्भ्यां गच्छामि यावदवतरामि। विनीतः नो चेत् कार् स्वीकृत्य उटकपर्यन्तं मम कार् अस्ति, किं तत् मेर्सिडेस् वर्तते, तद् दर्शयितुमपि केचन गच्छन्ति। वस्तुतः कदा कदाचित् तस्य कार् न भवति, तत् पार्टी मध्ये गन्तुं कार् कस्यचिदन्यस्य सकाशात् स्वीकृष्यते। अहमेकं जनं दृष्टवान् मद्रास् मध्ये, मम यौवने मद्रास् संस्कृत कालेज् मध्ये अहं पठन् आसम्। अहं केनापि कारणेन कालेज् तः दश इतः मम गृहं, मम प्रकोष्ठः यत्र वर्तते तावत् दूरे आपणे गत्वा आगच्छामि। तस्मिन् आपणे एकः जनः फोन् करोति स्म, तमहं कृतवान् मया संस्कृत कालेज् मध्ये मीटिङ्ग् कृते गन्तव्यं, कार् प्रेषयतु इति। इतः मम प्रकोष्ठदूरे वर्तते, यावता टेलिफोन् कृत्वा तद्गृहतः यावत्पर्यन्तं कार् आयाति तावत्पर्यन्तं तत्र प्रतीक्ष्य कार् मध्ये उपविश्य आगमनस्य आवश्यकता नास्ति। परन्तु एवमेव आयाति चेत् कथं, सः उन्नतजनः किञ्चित्, कार् केनापि कारणेन पत्न्या वा केनचिद् वा अन्येन पुत्रेण वा स्वीकृतमासीत्, विना कार् आगमनं तस्य स्टेटस् कृते किञ्चित् अननुकूलमासीत्। अतः ततः टेलिफोन् कृत्वा अहं हसन्नेव आगतः। अनन्तरं सः कार मध्ये आगत्य पञ्चनिमेषेषु अवतीर्णः, मम मनसि आनन्दस्य सीमैव नास्ति। ओ एवमपि जनाः भवन्ति। अतः एवं दर्शयितुं कदा कदाचित् उटजपर्यन्तं कार्याने स्वीकारे शकुन्तला इतोपि इम्प्रेस् भवति इति चिन्तयितुं शक्नोति। तथापि सः विनीतः तस्मात् रथम् अत्रैव स्थापयति यावदवतरा। सूतः धृताः प्रग्रहाः अवतरतु आयुष्मान्। पूर्वं पश्यन्तु, रश्मयः आगताः, अभीषवः आगताः, इदानीं प्रग्रहाः आगताः, धृताः प्रग्रहाः। ऐ हव् कण्ट्रोल्ड् द रे पदत्रयम्। ही नेवर् यूजेस् द सेम् थिङ्ग्, ही इस् वेरि क्लवर्, ही आल्सो रिमेम्बर्स् वाट् ऐ रोट् एट् दट् टैम् बिकास् ही वाण्ट्स् यू टु कन्फ्यूस्. बट् अस्माकं सर्वसंस्कृतशिक्षणस्य विपरीतनीति, सर्वसंस्कृते वयम् एकस्मिन् अर्थे एकमेव पदं प्रयोक्तव्यमिति वयं नियमं कुर्मः। किं गोविन्दमहोदय अस्ति नियमः न वा? परन्तु वाङ्मये तु एकस्मिन्नर्थे यावन्ति पदानि सन्ति तावन्ति कथञ्चित् प्रयोक्तव्यानि इति ते प्रयत्नं कुर्वन्ति। येन भाषायाम् अधिकारः आयाति। अनन्तरं वदति, सूत विनीतवेषेण प्रवेष्टव्यानि नाम तपोवनानि। तपोवनानि नाम विनीतेन वेषेण गन्तव्यानि। चर्च् मध्ये गन्तुं, मन्दिरे गन्तुम् एकवेषः भवति, किञ्चित् कक्षायाम् आगन्तुम् एकः वेषः भवति, सायङ्काले समुद्रे गन्तुं भिन्नः वेषः भवति, पार्टी मध्ये गच्छामश्चेत् भिन्नो वेषो भवति, एवमेव पार्टी मध्ये गच्छामश्चेत् तदपि योग्यं न भवति। अतः सर्वत्र तत्तत्स्थाने तत्तद्वेषेण प्रवेष्टव्यमिति वर्तते। तपोवनेषु प्रवेष्टुं विनीतः वेषः भवेत्, धार्मुकं, धनुः, किरीटं, रत्नहाराः, पाद एतत् रत्नपाद पादरक्षे एतत् सर्वं नास्ति। अतः विनीतेन वेषेण प्रवेष्टव्यानि नाम तपोवनानि, तपोवनानि नाम विनीतेन वेषेण प्रवेष्टव्यानि। अतः इदं तावत् दृश्यताम्। बिकास् हि इन् द नेक्स्ट् कमिङ्ग् सीज़न् हि हेस् टु कन्सील् हिम्सेल्फ़्। कालिदासः ग्रेट् ड्रामेटिक् किरीटादिकं धरति चेत् दुष्यन्ते इति अनुत्वैव ते कथ ज्ञास्यन्ति। अतः सर्वाणि आभरणानि अवमुच्य सूताय दत्तवान्। अत एव तत्र अबद्धं वदति तपोवनं तद्दृश्यता यावद् आश्रमवासिनः प्रत्यवेक्ष्य अहम् उपावर्ते यावत्पर्यन्तम् आश्रमवासिनः दृष्ट्वा अहं प्रत्यागमिष्यामि तावत् आर्द्रपृष्ठाः क्रियन्ताम् वाजिनः तावत्पर्यन्तम् वाजिनः अश्वाः आर्द्रपृष्ठाः क्रियन्ताम्। आर्द्रपृष्ठकरणम् नाम श्रमपरिहारकरणम्। अश्वानाम् श्रमपरिहारविधानम् वर्तते। एते बहुदूरं धावित्वा आगताः टेक् केर् आफ् द हार्स् अण्टिल् ऐ रिटर्न्। मेघं किञ्चित् जलादिकं पृष्ठे किञ्चित् स्थापयन्ति चेत् तेषां परिश्रमः नष्टो भवति। अथवा कैकते ते इतस्ततः शरीरम् उपावर्तयति चेत् अश्वः निमेषद्वयेन पुनः 100 किलोमीटर् धावितुं सिद्धो भवति। श्रमपरिहारार्थं एते अश्वानां श्रमपरिहारार्थं ये उपायाः सन्ति ते उपायाः क्रियन्ताम् तथा इति निष्क्रान्तः राजा इदमाश्रमद्वारा यावत् प्रविशामि। इदं किमर्थं वक्तव्यम् इत्युक्ते इदमाश्रमद्वारा यावत् प्रविशामि इति डैलाग् भवति। एतदाश्रमद्वारमस्ति अहं प्रविशामि इति उक्त्वा प्रविशति। नो चेत् ये पश्यन्ति ते न अनुभवेयुः। अतः एतादृशवचनानि संस्कृतनाटकेषु भूयोभूयः भवन्ति। परन्तु आरम्भो जातः शान्तमिदमाश्रमपदम्। इदम् आश्रमपदं शान्तं वर्तते, शमप्रधानं वर्तते, शान्तियुक्तं वर्तते। अत्र कामक्रोधादीनां प्रवेश एव न भवति। परन्तु स्फुरति च बाहुः। बाहोः स्फुरणमागतं, बाहौ स्फुरणमागतं। स्फुरणं नाम कदा कदाचित् नेत्रं, कदा कदाचित् शोल्डर् मै शोल्डर् इस् प्राबि। दक्षिणबाहोः प्राबिन् स्फुरणं स्त्रीसङ्गमस्य सूचकं भवति। स्त्रीसङ्गमस्य सूचकं भवति। तत् एतस्य अभवत्, दैवं वर्तते। परन्तु सः एव चिन्तयति, अन्तःपुरे वा नगरे वा भवति चेत् चिन्ता नास्ति, राजा वर्तते, स्त्रियः सुलभा भवन्ति। परन्तु इदं तु शान्तमिदम् आश्रमपदम्, इदं तु आश्रमपदं शान्तं वर्तते। स्फुरति च बाहुः, बाहुः स्फुरति, अस्य फलं कुतः? अस्य स्फुरणस्य फलम् अत्र कथं भवितुमर्हति? एकः श्लोकः, श्लोकमिव अनुभवन्ति वा? कालिदासस्य श्लोकाः तथा भवन्ति। विशिष्य नाटकेषु काव्ये सः चमत्कारं भिन्नं दर्शयति। अथवा इति सन्देहं प्राप्य अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र। यद् भवितव्यं वर्तते तस्य द्वारं सर्वत्र भवत्येव। तत्र कोऽपि उपायः अपि तत्रैव भवति। यदि अत्रैव स्त्रीसमागमः भवितव्यः स्यात्, तदर्थम् अपेक्षितः कश्चन मार्गः अपि तत्रैव भवति। सामान्यरूपेण वदति, मनसि चिन्तयति, भवितव्यानां भवितव्यं वस्तु यद्वर्तते, इत्युक्ते इदं लब्धव्यम्, इदं न लब्धव्यम् इति मम अत्र सान् फ्रान्सिस्को आगत्य वेदपाठशालायां पठनसमये, संस्कृतकालेज् मध्ये पठनसमये, वयम् अमेरिका इति देशं केवलं श्रुतवन्तः, नैव चिन्तितवन्तः। तत्र अहं गच्छामि इति न चिन्तितवान्। तत्रापि गमनमपि कथा यथा कथञ्चित् भवितुमर्हति। अमेरिका सान् फ्रान्सिस्को नगरे आगत्य दिवारात्रि क्याम्प् मध्ये अहं संस्कृतभाषा माध्यमेन शाकुन्तलम् अध्यापयामि इति मम चिन्तनं नासीत् खलु? परन्तु भवता सान् फ्रान्सिस्को गत्वा, तत्रापि गोल्डन् गेट् सकाशे गत्वा, तत्र एकत्र YMCA क्याम्पस् मध्ये संस्कृतमाध्यमेन अभिज्ञानशाकुन्तलस्य अध्ययनं करणीयमेव इति भवितव्यं वर्तते। यदा भवितव्यं तथा वर्तते तर्हि गोविन्दमहोदयः प्राप्यते, द्वारं प्राप्यते। मम भवितव्यम् एवमस्ति चेत् द्वारं स्वयमायाति, नो चेत् वस्तुतः मम कल्पनायां नास्ति। कदाचित् अत्र आगत्य लेक्चर् अपि कुर्यां, परन्तु आङ्ग्लभाषामाध्यमेन कुर्यां। तत्र सहजता वर्तते इदं तु पूर्णतः असहजं वर्तते प्रायः षट् सप्त वर्षेभ्यां संस्कृतमाध्यमेन किमपि नाध्यापितवान् अत एव आदौ बहु काठिन्यम् अनुभवामि स्म अद्यत्वेन न किञ्चित् अहम् अध्यापयामि सर्वं विस्मृतवान् नो चेत् इदं पुस्तकं मया मम नापेक्षितम् एकस्मिन् समये इदानीं तु पुस्तकदर्शनं विना पञ्चिरेकापि न गच्छति भवितव्यम् तदपि एकं भवितव्यं योऽहं प्रातःकालतः रात्रिपर्यन्तम् अध्यापयन्नासम् तस्य अध्यापनमेव नास्ति जीवने इत्यपि एकं भवितव्यं तदर्थं द्वारं तत्र मुरळीमनोहरजोषीद्वारा अत्र द्वारं गोविन्दमहोदयः इत्युक्ते भवितव्यानां वस्तूनां घटनानाम् उपायाः अपि सर्वत्र एवमेव भवन्ति अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र अतः भवतु यदि स्त्रीसमागमः एव अत्र भवेत् भवतु नाम किञ्चित् बिल्डप् करोति बीजं चक्रवर्तिनमात्मनि इति बीजम् उपस्थापितं खलु तस्य बीजस्य अथ शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलविहास्य अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र इति वचनेन तस्य एक्स्पान्शन् करोति टेक्निक् भिन्नं भवति भवन्तः पठनसमये टेक्निक् नानुभवन्ति एकवारं पठनानन्तरं टेक्निक् वयं कुर्मश्चेत् ब्यूटिफुल् क्लास् कन्स्ट्रक्षन् टेक्निक् अस्माकं सकाशे वर्तते अरे शकुन्तला नागता शकुन्तलां दर्शयितुम् इच्छति वा न वा वदतु शकुन्तलायाः दर्शनानन्तरम् इत इतस्तक्षौ प्राकृतमागतम् इत इतस्तक्षौ एतावदेव पश्चाद्भागतः इत इतस्तक्षौ डिस्टैड् इति राजा कर्णं दत्त्वा अये दक्षिणेन वृक्षवाटिकाम् आलाप इव श्रूयते वृक्षवाटिकायाः दक्षिणभागे कोऽपि आलाप इव श्रूयते यावदत्र गच्छामि तत्रैव गत्वा अहं पश्यामि ओ परिक्रम्य अवलोक्य तत्र गत्वा दृष्ट्वा त्री गर्ल्स् ब्यूटिफुल् अये एत् हा वन् नो टू त्री आल् त्री आर् ईक्वो कथयिष्यति तत्सर्वं सः एव कथयिष्यति अये एताः तपस्विकन्यकाः सन्ति तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैः तेषां शरीरस्य यत् प्रमाणं तदनुरूपः यः घटः न तु अट्लीस्ट् कन्वा डिड् नाट् डू द मिस्टेक् आफ् गिविङ्ग् बिग्गर् वेसल् विच् विल् बि डिफिकल्ट् फर् देम् टु क्यारि स्वप्रमाण अनुरूपैः सेचनघटैः बालपादपेभ्यः लघु लघु पादपेभ्यः पयो दातुं जलं दातुम् इत एव अभिवर्तन्ते इत एव आगच्छन्त्या सन्ति अहो मधुरमासां दर्शनं ओ आसां दर्शनं कियत् मधुरं वर्तते हौ स्वीट् दे आर् टु लुक् एट् इति झटिति एकं श्लोकं शुद्धान्तदुर्लभमिदं वपुः आश्रमवासिनो यदि जनस्य ब्यूटिफुल् श्लोकः शुद्धान्तदुर्लभं शुद्धान्तं नाम अन्तःपुरं राज्ञाम् अन्तःपुरं शुद्धान्तः इत्युच्यते राज्ञाम् अन्तःपुरे कीदृश्यः कन्यकाः प्रविशन्ति याः सौन्दर्येण सर्वविधप्रागल्भ्येन उत्तमोत्तमाः ताः एव राज्ञः अन्तःपुरं प्रविशन्ति सामान्यकन्यकास्तु राज्ञः अन्तःपुरं न प्रविशन्ति परन्तु एष वदति शुद्धान्ते अन्तःपुरेऽपि दुर्लभम् इदं वपुः अन्तःपुरेष्वपि प्राप्तुम् अशक्यम् इदं वपुः इदं शरीरं वपुः शब्दस्य यत्र शृङ्गाररसः तत्र शरीरशब्दः न प्रवर्तव्यः वपुः शरीरमिति अर्थः न वक्तव्यः वपुः इत्युक्ते वपुः इत्येव वक्तव्यं संस्कृतभाषायां सर्वाणि पदानि व्युत्पन्नानि तेषां प्रयोगे वैशिष्ट्यं वर्तते शरीरं नाम शीर्यते नश्यति इति शरीरं बट् इन् द शृङ्गार काण्टेक्स्ट् दट् इस् नाट् सूटबल् शृङ्गारः शीर्यते शीर्यते वाट् इस् द ग्रेट् शृङ्गार इति देहः इत्युक्ते दिह सोऽपि धातुः योग्यः नास्ति केवलं वपुः इति शब्द एव प्रयोक्तव्यः. वपुः इत्यस्य व्युत्पत्तिः का इति न पृच्छन्तु, अहम् इदानीं न जानामि. अस्ति वपुः विषये जानाति वा? अनन्तरं कथयामि. संथिङ्ग्स् आर् रिसर्व् फार् नेक्स्ट् जानामि क्वचित् अस्ति. पुनः अत एव सर्वं वदामि चेत् न आह्वयन्ति. अत एव अजते वपुः नाम शृङ्गारसन्निवेशे शरीरवाचकपदेषु वपुःशब्द एव प्रयोक्तव्यः. कालिदासः बै मिस्टेक् अपि अन्यशब्दं न प्रयुञ्जे. वेरि पवर् पर्फेक्ट् कवि एव कालिदासः. शुद्धान्तदुर्लभम् अन्तःपुरे दुर्लभम् इदम् इदानीमहं शरीरमित्येव कथयामि. इदं वपुः या वपुशब्दं जानन्ति चेत् इदं वपुः सकारान्त नपुंसकलिङ्गशब्दः. वपुः वपुषि वपुंषि, वपुः वपुषि वपुंषि. आश्रमवासिनो जनस्य यदि आश्रमवासिनः जनस्य भवितुमर्हति तर्हि दूरीकृताः खलु गुणैः उद्यानलताः वनलताः. उद्याने वेल् ग्रूम्ड् लताः याः सन्ति ताः वनलताभिः, यत्किञ्चित् ग्रूमिङ्ग् नास्ति. वने लता स्वयम् उद्भवति, स्वयं यथेच्छं प्ररोहति. अतः वनलतासु तत् सौन्दर्यं न भवति यत् सौन्दर्यं राजोद्यानेषु सम्यक् रूपेण तत्र मेन्योर् यच्छन्ति. एकं पत्रं किञ्चित् विवर्णं जातम्, एकं बृहत् बयोटेक्नालजि इञ्जेक्षन् कुर्वन्ति. यथा जागरूकतया येन यत् पत्रं यत् फलन्मध्ये भवेत् तत्सर्वं तथा अस्ति. यतः श्वः राजा तत्र आगच्छति चेत् तेषां जीवनमेव नश्यति. तावता प्रयत्नेन यत्र उद्याने लताः रक्षन्ति ताः लताः सर्वाः अपि वनलताभिः दूरीकृताः एव, तिरस्कृताः एव. इत्युक्ते ताः तिस्रः अपि कन्यकाः तथा सुन्दर्यः सन्ति, यद्यपि आश्रमवासिन्यः, तथापि शुद्धान्तेऽपि तद्रूपं दुर्लभम् इति तस्य आगतस्तु विनीतवेषेण, परन्तु बुद्धिस्तु किञ्चित् कुटिला एव. सः गतः महर्षिविषये भक्तिं प्रतिपादयति. किमर्थमागतः? कण्वस्य महर्षेः विषये भक्तिं ज्ञापयितुम् आगतः. आगतं कार्यं कृत्वा गच्छेत्. अत्र कन्यकानां कीदृशं रूपं, तेषां कियत् स्तरः कीदृशः, सिद्धान्ते दुर्लभं वा सिद्धान्ते सुलभं वा, एष विचारः किमर्थं? काचित् वक्रता बुद्धौ वर्तते, अथवा भवितव्यानां द्वाराणि सर्वाणि भवन्ति, तद् भवितव्यमस्ति. अतः तादृशचिन्तनम् आगतं. यावदिमां छायामाश्रित्य प्रतिपालयामि. यदा सुन्दरस्त्रीणां सन्निवेशम् अपश्यत् झटिति ताः अधिककालं द्रष्टुमिच्छति. नेचुरल् लाङ्गिङ्ग् अस्ति, अधिककालं द्रष्टुमिच्छति. अतः यदि सम्मुखे गच्छति कदाचित् ताः तिष्ठेयुः अथवा गत्वा कमपि तापसं प्रेषयेयुः. रिस्क् फ्याक्टर्. सम्मुखं गच्छति राजा, अरे कोऽपि पुरुषः नूतनपुरुषः आगतः इति कृत्वा किञ्चित् क्षणेन हलो इत्युक्त्वा आश्रमं प्रविश्य कामपि वृद्धतापसि प्रवेशयन्ति चेत् सर्वोऽपि रसः नष्टः इति कृत्वा कञ्चित्कारं एष प्रतिपालयितुं सः पश्य द्रष्टुम् अनुभवितुमिच्छति. अतः सम्मुखे न गन्तव्यम्. अतः अस्तु, एतत् छायामाश्रित्य यावदिमां छायामाश्रित्य प्रतिपालयामि. एकस्य वृक्षस्य पश्चाद्भागे शरीरं गोपयित्वा सः किञ्चित् अब्सर्व् करोमि. अन् बिकमिङ्ग् अण्ड् नाट् प्रापर् बिहेवियर्. ओके, यु केन् पार्डन् हि फर् ए मोमेण्ट्. यु केन् पार्डन् हि, इस् इट् संथिङ्ग् अन् बिकमिङ्ग् अफ् यू? शकुन्तला इत इतस्तक्षु इति सः पृष्ट. हरे हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्य आश्रमवृक्षकाः प्रियतराः इति तर्कयामि. अनसूया वदति, अनसूया इति इन्नसेण्ट्, प्रियं वद इस् वेरि प्रगल्भ. आपोजिट् अपि हलवा शकुन्तले, त्वत्तः अपि भवत्याः अपेक्षया अपि तातकाश्यपस्य कण्वस्य आश्रम वृक्षकाः ये सन्ति लघु लघु वृक्षकाः आश्रमे ताः प्रियतराः इति अहं चिन्तयामि अतीव प्रियाः इति चिन्तयामि प्रियः प्रियतरः प्रियतमः गोविन्द महोदय द्वितीयवारम् आगतः प्रियतराः इति कल्पयामि येन येन नवमालिका कुसुम पेशलापि त्वं नवमालिका कुसुमं नवमालिका इति एकं पुष्पं तत् स्पृशामश्चेत् म्लानं भवति ततोपि पेशला ततोपि सुकुमारवती भवति येषां वृक्षाणाम् आलवालपूरणे नियुक्ता येषां वृक्षाणाम् आलवालः इत्युक्ते वृक्षस्य परितः जलं स्थातुं किञ्चित् न्यूनं प्रदेशं कुर्वन्ति आलवालः इति तेषु आलवालेषु दूरतः जलं घटेन आनीय वृक्षाणां पूरणे अनुशासनं कृतवान् कण्वः नियुक्तवान् कण्वः अतीव तस्य हृदये भवत्याः अपेक्षया एतेषु वृक्षेष्वेव अधिका प्रीतिरस्ति इति अहं चिन्तयामि यतोहि भवती कीदृशी नवमालिका कुसुमकेशः नवमालिका पुष्पस्य अपेक्षयापि सुकुमारवती वर्तते शकुन्तला वदति न केवलं तातनियोगैव एषः तातस्य नियोगः एव न तातस्य आर्डर् एव न अश्चिनि सोदरस्नेहः अपि एतेषु ममापि एतेषु वृक्षेषु सोदरस्नेहः वर्तते कालिदास इस् ए नेचुरल् पोयट् अण्ड् हि बिल्ड्स् अप् दट् आश्रम एन्विरोन्मेण्ट् त्रिभूत विज्ञान शाकुन्तलम् अन्बिलीवबल् यु सी शी सेड् दट् देयर् आर् मै ब्रदर्स् सोदरस्नेहः एतेषु वृक्षेषु ममापि सोदरस्नेहः वर्तते सः केवलं पिता जलं पूरयतु इति नियुक्तवान् इत्यतः न करोमि ममापि प्रेम्णा अहं करोमि ओ राजा हि गाट् वन् पायिण्ट् हि इस् देर् ओन्ली टु पिक् अप् द पायिण्ट् फस्ट् पायिण्ट् ओ कथम् इयं सा कण्वदुहिता ओ तत् शकुन्तला शकुन्तलाम् आश्रमे स्थापयित्वा शान्तिं कर्तुं गत इति ब्रह्मचारी उक्तवान् खलु एषा सा शकुन्तला अहं चिन्तितवान् कापि तापसी भवेत् इति परन्तु कथम् एषा सा शकुन्तला एषा सा कण्वदुहिता असाधुदर्शी तत्र भवान् काश्यपः काश्यपः असाधुदर्शी असाधुदर्शी इज् अ मैल्ड् रेब्यूक् असाधुकारी असाधुदर्शी इति वदामः इत्युक्ते हु डस् समथिङ्ग् अन्बिकमिङ्ग् आन् हिस् पार्ट् मैल्ड् रेब्यूक् बट् नाट् एक्सिजेशन् बट् देर् इस् अ लव् बिहेव् कुतः य इमाम् आश्रमधर्मे नियुङ्क्ते एतादृशीं सुन्दरीं कन्याम् आश्रमधर्मे तापसधर्मे यः नियोजयति वेरि बेड् असाधुदर्शी सः काश्यपः असाधुदर्शी सः काश्यपः इदं किल अव्याजमनोहरं वपुः इदं किल अव्याजमनोहरं शुद्धान्ते अन्तःपुरे कन्यकानां स्त्रीणां वपुः सुन्दरं व्याजेन भवति इत्युक्ते वेरियस् कैण्ड्स् आफ् आभरणानि various kinds of that face powder, this snow, this, that, I don't know, America मध्ये बहु विस्तारो भवेत् तादृश परन्तु इदं तु रूपम् अव्याज मनोहरं व्याजेन येन केनचित् विना मनोहरं वर्तते वपुः पुनः वपुः शरीरं न वपुः तपः क्षमं साधयितुं य इच्छति तादृशं वपुः एतत् तपसः साधनं कर्तुम् इच्छति सः मूर्खः किं कुर्मः ये इच्छति सः किं करोति इत्युक्ते ध्रुवं सः किं करोति नीलोत्पलपत्रधारया नीलोत्पलम् उत्पलम् उत्पलं जानन्ति उत्पलं लिलि मून् मून् मध्ये विकसितं भवति मून् मध्ये यदा चन्द्र आयाति तदानीं विकसितं भवति रात्रौ उत्पलं नीलोत्पलं वेरियस् कलर्स् भवन्ति तत्र नीलोत्पलं नीलोत्पलस्य पत्रं नाम एकं पत्रम् पत्रं नाम नीचैः पत्रं न पुष्पस्य पत्रं पुष्पस्य पलाशः पुष्पस्य एकं पत्रं पेटल् पेटल् तस्य धारा भवति तस्य यज् भवति कण्वः किं करोति इत्युक्ते स्वस्य होमार्थं सविधः अपेक्षन्ते अश्वत्थवृक्षस्य अक्षतवृक्षं जानन्ति? अक्षतवृक्षस्य शुष्काः याः शाखाः भवन्ति ताः शाखाः होमार्थं प्रयुज्यन्ते। तद् आनयनाय खलु ब्रह्मचारिणः गताः। आनयनतः पूर्वं ते क्षेत्रव्याः भवन्ति वृक्षतः शुष्क सविधां छेदनं करणीयं खलु, करोति कृत्वा खलु आनीयं। शुष्क अश्वत्थ शाखानां छेदनार्थं नीलोत्पलपत्रस्य यड्डि एष कण्वः तथा मूर्खः, एष कण्वः तादृशो मूर्खः यः नीलोत्पलपत्रधारया नीलोत्पलपत्रस्य यज्ज्द्वारा शमीलतां शमीवृक्षस्य न अश्वत्थवृक्षस्य न शमीवृक्षस्य ततोपि कठिनं ततोपि कठिनं कठिनतरं भवति शमी कण्टकान्यपि भवन्ति। शमीवृक्षस्य लतां शाखां छेत्तुं प्रयत्नं करोति। एतद् वपुः एतत् अव्याजमनोहरं वपुः तपसः साधनं कारयितुं यः इच्छति यः कण्वः इच्छति सः अल्टिमेट्लि किं करोति? नीलोत्पलपत्रधारया शमिल्लतां छेत्तुं प्रवर्तते। यद्धि तमासा वर्तते इति कृत्वा अरे कण्वः असाधुदर्शि ना, he is not right. Something has gone basically wrong with him. Asadhudarshi, asadhudarshi khalu, tatrabhavan kashyapah. Ujjyarthe tatrabhavan ki prayinte manasi khalu adati. Atah dosho na. Astu Govinda Modaya divara magata Shakuntala tinti drashta, paranta Shakuntala tu itoti bahu doram drashta vya. Pashya maha.
Priyamada kyanam ki varati vya?
प्रियम्बदा ये तो अनन्तरं वदति अच्छा प्रियम्बदामपि दर्शयामि वा प्रियम्बदामपि दर्शय एषा चतुर्थां द्रष्टुं यच्छति प्रियम्बदां ओ चतुर्थां दृश्यन्ते राधा भवतु भवतु तादप अन्तर्हित अन्तर्हित एव विश्रब्धं तावदेनां पश्यामि। पादपस्य पादपे अन्तर्हित एव भूत्वा यथा ते विश्वासं प्राप्नुयुः तथा एनां शकुन्तलां पश्यामि। नौ अस्तु त्रय तिस्रः कन्यकाः समानरूपवयो लावण्याः अतः किञ्चित् इदानीं वन् स्टेप् अहेड् गतवान्। मध्ये वर्तमाना सा एव शकुन्तला, ही कुड् एबल् टु ऐडेण्टिफै शकुन्तला। नौ हिज् ऐ नो मोर् सीस् शकुन्तला, अनसूया नो मोर् सीस् प्रियम्बदा, ओन्ली रिलेटेड् टु ओन्ली शकुन्तला, दट् टु फ्रम् ओके शकुन्तला सखी अनसूये शकुन्तला वदति किञ्चित् शृङ्गारात्मकं भवति, चिन्ता नास्ति भवन्तः सर्वे युवानः अरे शृङ्गारो नास्ति चेत् कालिदासस्य शाकुन्तलेन प्रयोजनं सखी अनसूये सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियम्वदया नियन्त्रितास्ति। सखि अनसूये प्रियम्वदया प्रियम्वदाम् अहं वल्कलं पिधातुम् उक्तवती, सा किं कृतवती? सा प्रगल्भा बहुतैत् पिहितवती अतिपिनद्धेन अतिपिनद्धेन बहुतैत् कृतेन पिनद्धं कै पिनद्धम् अतिपिनद्धेन अधिकतया पिनद्धेन वल्कलेन वस्त्रेण शकुन् प्रियम्वदया दट् प्ले गर्ल् इस् वेरि नाटि गर्ल् नियन्त्रितास्मि, ऐ एम् फीलिङ्ग् डिस्कम्फर्ट् नियन्त्रितास्मि, ऐ एम् कण्ट्रोल्ड् इन् मै मूमेण्ट् ऐ एम् कण्ट्रोल्ड् इन् मै मूमेण्ट् शिथिलयतावदेत किञ्चित् शैथिल्यं कुरु। दोस् डेस् नाटिङ्ग् इस् डन् इन् द बेक् सैड् so somebody's help was required. So anasuyam uktavati anasuyam uktavati kinchit shaithilyam kuru kinchit shithilam kuru iti anasuyam Shakuntala uktavati bhavatah priyamvada agatavati sa vadati atra పయోధర విస్తారయితు ఆత్మనో యవ్వనముపాలభస్వ మాంసిముపాలభసే వై ఆర్ యూ ఎక్స్క్యూజింగ్ మీ మాంసిం ఉపాలభసే వై ఆర్ యూ ఎక్స్క్యూజింగ్ మీ ఉపాలంభ ఎక్స్క్యూజేషన్ మాంసిమర్థం ఉపాలభసే ప్రియం వదయా నియంత్రితాస్మీతి కారణం కిం ప్రతిక్షణం పయోధర పయోధరయో విస్తారం సంపాదయతి భవత్యః యవ్వనం తల్లి తదు యవ్వనం ఉపాలభవనం నిందస్వ అత్ర పయోధర విస్తార ఇతృకం పయోధరయో విస్తార సంపాదకం వైశద్య సంపాదకం వృద్ధి సంపాదకం ఆత్మన యవ్వనం నిందస్వ నతు మాం నిందస్వ మాం కిమర్థం ఉపాలభసే అత ప్రియమ ప్రియమున్న ఏమే హో రాజా రాజా కామం అనురూపం అస్య వపుసో వల్కలం నపున అలంకారశ్రియం నపుష్యతే యద్యపి వల్కలమేవ వర్తతే ఏతస్మిన్ వపుషి తథాపి అలంకారశ్రియం నపుష్యతి ఇతి న ఇతితే అత్ర అలంకారాః సువర్ణాభరణాని భవంతి చేద్ అన్యా కథా నసంతి చేదపి వల్కలేనాపి సౌందర్యం తు సంపద్యతే ఏవ ఇతిత్వా ఏక మధుర శ్లోకా సామాన్యః సరసిజం అనువిద్ధం శైవలేన శాకుంతలం నీచైః స్థాపయితుం న శక్నువంతి గోవింద మహోదయ స్వప్రాతః పఠిష్యామ సరసిజం అనువిద్ధేతేన సమాపయామ సరసిజం అనువిద్ధం శైవలేనాపి రమ్యం సరసిజం పద్మం శైవలేన అనువిద్ధం శైవలం అతీవ ద్రష్టుమపి జుగుప్సాకరం స్ప్రష్టుమపి జుగుప్సాకరం వర్ణేనాపి జుగుప్సాకరం తథాపి శైవలేన సహితం అపి సరసిజం సుందరమేవ భవతి శైవజం నామ శైవలం నామ జానంతి దట్ 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 గ్రీని దట్ వాటర్ మధ్యె గ్రీని మాస్ 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 ఎంఓ ఎస్ఎస్ మాస్ ఓకే మా శైవలేన మాస్ ఇత్యనేన అనువిద్ధం సహితమపి సరసిజం పద్మం సుందరమేవ భవతి అసుందరంతో భవతి అపి చ యదా శైవలం సమీపే భవతి కదా పద్మస్య సౌందర్యం అధికం వర్ధతే కదా కదా అతేవ పెయింటిస్ట్ కోపి పద్మస్య చిత్రం కృత్వా శైవలం అకృత్వా న స్థాపయతి కింది శైవలమపి అవశ్యమేవ చిత్రయతి మలినమపి యద్యపి మలినం వర్తతే హిమాంశోహ లక్ష్మ చంద్రస్య మధ్యే యత్ లక్ష్మ వర్తతే లక్ష్మ జట్ స్కార్ 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 మలినమపి వర్తతే మలినమేవ తత్ తథాపి లక్ష్మీం తనోతి తథాపి సౌందర్యమేవ ఆతనోతి ఇయం శకుంతల అధికమనోజ్ఞ వల్కలేనాపి తన్ని వల్కలేనాపి వల్కలం నామ దట్ త్రీ బార్స్ క్లోత్ మామూలు సింపుల్ క్లోత్ ఫర్ తాపస దట్ ఈస్ వల్కలం ఏషా ఇయం శకుంతల వల్కల ఇయం తన్వి ఏషా శకుంతల వల్కలేనాపి అధిక మనోజ్ఞ అత్యధిక సుందరా వర్తతే ఇత్యుక్త్వా జనరలైజ్ కరోతి కిమవసి మధురాణాం మండనం నాకృతీనాం మధురాణాం ఆకృతీనాం కింవా మండనం నభవతి ఆకృతి మధురా అస్తి చేత్ యత్కిమపి డ్రెస్ భవతు మధురం భవతి ఆకృతి మధురా అస్తి చేత్ యత్కిమపి అలంకారః భవతు సౌందర్యాయ కల్పతే ఆకృతి మధురా నాస్తి చేత్ యావతాపి మేకప్ కరణేన సౌందర్యం నాయాతి అతః మధురాణాం ఆకృతీనాం మధురాణాం స్వరూపాణాం కింవా వస్తులోకే మండనం నభవతి సర్వమేవ వస్తులోకే మండనం భవతి ఇది సహ పశ్చాత్ వృక్షస్య పశ్చాత్ భాగే వర్తతే స్వకీయ ఇమాజినేషన్ ఫ్లైట్ మధ్యే సహ వర్తతే అత్ర స్థాపయామః యతో హి గోవింద మహోదయః ఇతఃపరం అస్మాన్
ఆరాధ్యం ఆరాధ్యం ఆమధ్యరాత్రి